सर्वेषां नमस्कारः. हा, गतवर्गे अस्माभिः अभावस्य चतुर्विधत्वं परिशीलितमासीत्. तत्र अस्माभिः दृष्टमासीत् यत् अभावः चतुर्विधः: प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावश्चेति इति. तर्कसङ्ग्रहस्य मूलवाक्यमासीत् सप्तविंशतितमपृष्ठे. तत्र प्रागभावः इत्युक्ते कस्यचित् वस्तुनः उत्पत्तेः पूर्वं प्रतीयमानः अभावः, तादृशाभावः प्रागभावः. वस्तुनिर्माणार्थं सामग्रीं दृष्ट्वा वयम् ऊहां कर्तुं शक्नुमः, अस्तु अग्रे तद्वस्तु भविष्यति इति. तत्र तस्मिन् ज्ञाने प्रतीयमानः अभावः प्रागभावः. पुनः प्रध्वंसाभावः इति अपि दृष्टः. तत्र अस्माभिः दृष्टं यत् कस्यचित् वस्तुनः नाशः जायते चेत् अथवा वस्तु ध्वस्तम् इति अनुभवः प्रतीयते चेत् तत्र वस्तुनः प्रध्वंसाभावः अथवा ध्वंसः इति वदामः. अत्यन्ताभावः तु अतीव सरलं. सामान्यतया यथा वदामः भूतले घटो नास्ति इति वदामश्चेत् तत्र घटस्य अत्यन्ताभावः, किमपि कुत्रचित् नास्ति इति यः अनुभवः भवति, तस्मिन् अनुभवे अथवा तस्मिन् ज्ञाने प्रतीयमानः अभावः अस्ति अत्यन्ताभावः इति. अत्यन्ताभावः पुनः त्रिविधः इत्यपि अस्माभिः पूर्वमेव दृष्टमासीत्: सामान्याभावः, विशेषाभावः, विशेषविशेषाभावः इति. एतत् सर्वं दृष्ट्वा अधुना अन्योन्याभावः इत्यस्य विवरणम् अपेक्षितमस्ति. सः भावः न अधीतः. तस्मात् पूर्वम् अस्माभिः तादात्म्यसम्बन्धः इत्युक्ते किम् इति ज्ञातव्यं भवति. वयं दृष्टवन्तः यत् तत्र नूतनसम्बन्धद्वयम् आगतम् इति. स्वरूपसम्बन्धः इति एकः सम्बन्धः, अभावः, प्रतियोगिता, अनुयोगिता इत्यादयः पदार्थाः संयोगेन वा अथवा समवायेन सम्बन्धेन कुत्रचित् न भवन्ति. तत्र स्वरूपसम्बन्धः इति सम्बन्धः आवश्यकः आसीत्. स्वरूपसम्बन्धः इति एकः सम्बन्धः. अनन्तरं तादात्म्यसम्बन्धः इति अपि अपरः सम्बन्धः दृष्टः. तादात्म्यसम्बन्धस्य उदाहरणमस्ति घटः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते अथवा पटः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते इति. स्थूलरीत्या तादात्म्यसम्बन्धस्य परिचयः जातः. अधुना इतोपि गभीरतया परिशीलनीयम् अस्तु. वस्तुतः अस्माकं मूलविषयः अस्ति अन्योन्याभावस्य निरूपणम्. अन्योन्याभावः इत्युक्ते किम् इति ज्ञातव्यं. तदर्थं तादात्म्यसम्बन्धः इत्युक्ते किम् इति प्रथमं ज्ञातव्यं. तस्य विवरणार्थम् अग्रे कार्यकारणभावस्य विषयः आगच्छति. सर्वे नवविंशतितमपृष्ठं प्रति गच्छन्तु. अस्तु, तत्र नवविंशतितमपृष्ठे प्रथमपरिच्छेदात् आरभामहे. शिवराम महोदय, आरब्धुम् इच्छति वा इदम् अस्य कारणम् इति वक्तुं निकषाः इति?
इदं तत्
हा, समीचीनं महोदय.
तथा हि इदम् अस्य कारणम् इति वक्तुं निकषाः. तथा हि कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुम् अर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम्. यदि हस्तमलनिवारणं जलेन कर्तुम् इच्छति चेत् यद् हस्ते मलः अस्ति यत्र मलनिवारणरूपं कार्यं कर्तव्यं तद् हस्ते एव जलसंयोगः आवश्यकः, न तु अन्यस्मिन् हस्ते. भूतकन्यामहे तस्य अधिकरणे कारणम् इति यत् निर्धारणीयं तेन स्थातव्यम्. अत्र कार्यकारणभावविचारः तत्र अस्ति.
प्रथमतया शीर्षकं परिशीलयामः महोदय. शीर्षकं किम् आसीत्?
इदम् अस्य कारणम् इति वक्तुं निकषाः.
निकषः इत्युक्ते
निकषः इत्युक्ते नियमः वा वयं नियमः वा टच् स्टोर् इति वदामः
वस्तुतः निकषः इति पदस्य अर्थं परिशीलयति चेत् टच् स्टोन् इति अस्ति इत्युक्ते सुवर्णकारः यः सुवर्णं करोति सुवर्णस्य आभरणानि इत्यादिकं सुवर्णं समीचीनमस्ति न वा इति परिशीलनार्थं टच् स्टोन् अथवा निकषः इति किञ्चित् घर्षणं कृत्वा परिशीलयति खलु एवमेव अस्माभिः अस्तु इदं कस्यचित् कारणम् इति वक्तुं परिशीलनार्थं के के नियमाः अनुसरणीयाः इति विषयः नाम तर्कः कः इति अस्तु अधुना वयं न्यायशास्त्रं पठामः न तु व्याकरणम् इति वक्तुम् इच्छामश्चेत् तत्र तर्कः कः यतोहि वयं विद्याधरी इति पठामः इत्यादिकं खलु व्याकरणविषयं न पठामः इति कृत्वा तत्र निकषः भवति कश्चन तर्कः भवति किमपि अस्ति अथवा किमपि एवमस्ति इति वक्तुम् एवमेव किमपि कस्यचित् कारणम् इति वक्तुं नियमः अथवा निकषः कः इति परिशीलनम् अस्मिन् भागे तदेव अस्ति अस्तु महोदय अग्रे
उत्पद्यमानं यत् कार्यम् अस्ति तत् कार्यं केन कारणेन उत्पन्नं भवति वा उत्पन्नं भविष्यति तत् कार्यस्य अपि चिन्तनं करणीयं भाव्यं नाम भाव्यमिति चिन्तितं तत् कार्यस्य
वदतु
तत् कार्यस्य कारणं वा अधिकारणं किम् अस्ति इति विषये चिन्तनं करणीयं तत्र उत्पद्यमानं यत् कार्यम् अस्ति उत्पद्यमानं तत् कार्यम् उत्पादयितुं ये कारणानि सन्ति वा यत् कारणम् अस्ति तस्यापि चिन्तनं करणीयम्
प्रथमतया किं चिन्तनीयम्
उत्पद्यमानं यत् कार्यं तत् प्रति कारणं किं भवितुम् अर्हति
केवलं तथा नास्ति अग्रे किम् अस्ति
इति विचारो आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम्
तस्य अर्थः कः
इति विचारे आदौ तेन कार्याधिकरणे भाव्यम्
पूर्णतया वाक्यं पठतु एकवारं
तथा हि कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुम् अर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम्
तस्य अर्थः कः
उत्पत्स्यमानं यत् कार्यम् अस्ति तत् प्रति कारणं किम् अस्ति इति विचारे सति कार्याधिकरणे भाव्यं
केन कार्याधिकरणे भाव्यम्
कार्यकारणभावविचारे
कार्यकारणभावविचारे इति विषयसप्तमी
अस्तु
तर्हि विषयः अस्ति कार्यकारणभावः कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तदवगच्छति खलु उत्पत्स्यते इति उत्पद्यते इत्यस्य लृट्लकारः भविष्यत्कालरूपं तत्र भविष्यत्कालविवक्षायां शाणज् प्रत्ययम् उपयुज्य पद् धातुतः उत्पद्यमानम् इति आगतं तावदवगच्छति किल अग्रे यत् कार्यम् उत्पद्यते तत् कार्यं प्रति कारणं भवितुमर्हति अवश्यं भवति किल इति विचारे इत्यस्मिन् विचारे आदौ किं चिन्तनीयम्
आदौ तेन कार्याधिकरणे
केन कार्याधिकरणे कार्याधिकरणे भाव्यम् इति चिन्तितम् अस्तु कार्याधिकरणम् इति अस्ति कुत्रचित् कार्यं भवति तदेव कार्याधिकरणं कार्याधिकरणे भाव्यम् इति कीदृशपदमस्ति
भाव्यम् अत्र यत् प्रत्ययः
इति समीचीनं महोदय यत् इति प्रत्ययः इति सम्यक् एव राजेन्द्र महोदय प्रायः म्यूट् करणीयं भवता किञ्चित् कृपया. धन्यवादः. भाव्यम् इति भवितव्यं
भवितव्यं यत् भूधातुतः यत् अस्ति अधिकरणे.
अत्र कार्यादिकरणे किम् अस्ति इति वार्ता.
कार्यादिकरणे भाव्यं किम् अस्ति,
केन भाव्यम् इति मम प्रश्नः. किम् अवगतम्? उत्पत्स्यमानं यत् कार्यं तद् प्रति कारणम् इति विचारे
आदौ तेन कार्येण भाव्यं.
कार्यं तु कार्यादिकरणे अवश्यम् अस्ति महोदय. कारणेन कारणेन कार्यादिकरणे भाव्यं.
कारणेन कार्यादिकरणे भाव्यम्
चिन्तितम् अस्तु. इदमेव वाक्यम् इदं कर्मणि प्रयोगे अस्ति, तेन कार्याधिकरणे भाव्यम्. कर्तरि प्रयोगे वदामश्चेत्
कारणः कार्याधिकरणेन एतस्य भाव्यम् एतस्य भविष्यति वा.
विधिलिङ्गर्थे खलु. तर्हि कारणं भवेत्. तर्हि अस्माकं
कारणकार्यादिकरणेन भवेत्. कारणं कार्यादिकरणेन भवेत्.
कारणेन इति नास्ति महोदय, सप्तमी विभक्ति. कारणं
कार्यादिकरणे भवेत्
इति प्रथमः निकषः. वयं नियमाः के इति चिन्तयामः खलु अधुना. तर्हि प्रथमः नियमः अथवा निकषः अस्ति कार्यं कार्याधिकरणे भवेत् अथवा कारणेन कार्याधिकरणे भाव्यम्. अस्तु, अग्रे उदाहरणं किम् अस्ति इति.
यदि हस्तमलनिवारणार्थं वयं जलम् इच्छामः चेत् यद् हस्ते मल अस्ति तत्र मलनिवारणरूपं कार्यं कर्तव्यम्. तद् हस्ते एव जलसंयोगः, नाम मल यत् हस्ते अस्ति तत्र एव जलस्य संयोगः आवश्यकः मलनिवारणार्थं, न तु अन्यस्मिन् हस्ते. यस्मिन् हस्ते मलम् अस्ति तत्र एव जलसंयोगः आवश्यकः, न तु अन्यस्मिन् हस्ते. अतः कार्यमिति यत् वयं मन्यामहे तस्य अधिकरणे कारणम् इति यत् निर्धारणीयं तेन स्थातव्यम्. तर्हि अत्र मलनिवारणम् इति कार्यमस्ति, तस्य कारणमस्ति जलसंयोगः.
हा, इति सत्यं, परन्तु पूर्णतया वाक्यस्य अर्थः कः इति वदतु.
अतः कार्यम् इति यत् वयं मन्यामहे तस्य अधिकरणे कारणम् इति यत् निर्धारणीयं तेन स्थातव्यम्. कार्यस्य अधिकरणे तु जलसंयोगः, जलसंयोगः तु कारणम् इति.
हा, तेन स्थातव्यम् इत्युक्ते किम्? पुनः विधिलिङ्गस्य खलु.
विधिलिङ्गः
कारणं भवेत् तत्र, कारणं तत्र
भवेत् वा तिष्ठे.
अस्तु, तर्हि अत्र अस्मिन् उदाहरणे तु यथा महोदयेन उक्तं, मलनिवारणम् इति कार्यं, जलसंयोगः कारणम्, अपि च मलनिवारणम् अपि च जलसंयोगः कुत्र तिष्ठेताम् उभौ अपि? हस्ते एव
कार्याधिकरणं.
हस्तः किं तत्र? अत्र वार्तात्रयमस्ति खलु, कार्यं कारणं कार्याधिकरणम्. अत्र कार्याधिकरणं किम्?
हस्तः.
हस्तः, हा, इति मनसि भवेत्.
एकं कार्याधिकरणः.
अस्तु,
मलनिवारणं कार्यमस्ति, जलसंयोगः तस्य कारणमस्ति, कार्याधिकरणः तु हस्तः.
महोदय, भवतः पृष्ठभागे ध्वनिः अस्ति, कुत्रचित् अन्यत्र तिष्ठति चेत्. अस्तु, सम्यक् महोदय. अस्तु, तर्हि कार्यकारणभावविचारे अंशत्रयं भवति सर्वदा, कार्यं कारणं कार्याधिकरणम् इति मनसि भवेत्. अपि च अस्माकं प्रथमः निकषः अस्ति कार्याधिकरणे कार्येण अपि च कारणेन उभाभ्यां तत्र स्थातव्यम् इति. बुद्धम् अस्तु, अग्रे सरेम तर्हि. विद्या भगिनी कृपया.
इतश्च चिन्त्यं घटनिर्माणस्थले तन्निर्माणरीतिं ज्ञातुं कश्चित् नागरिकः गच्छति. सोऽपि घटोत्पत्तिः यत्र भवति तत्र भूतले वर्तते, न तु सः घटस्य कारणमिति व्यवह्रियते. अतः कार्याधिकरणे विद्यते इति एतद् न पर्याप्तं, किन्तु यत् कारणम् इति निर्धारणीयं तेन कार्याधिकरणे सर्वदा भाव्यम्. नागरिकः तु यदा ज्ञातुम् इच्छति तदैव घटाधिकरणे भवति, न अन्यदा. दण्डादयः तु सर्वदा एव भवन्ति इति तानि घटकारणानि. तर्हि अत्र उदाहरणमस्ति, अत्र घटस्य निर्माणस्थले यदि कोऽपि घटस्य निर्माणं कथं भवति इत्यस्मिन् विषये ज्ञातुम् इच्छति चेत् तर्हि सः तत्र गच्छति यत्र घटस्य उत्पादनं भवति. यदि भूतले घटस्य उत्पादनं भवति, सामान्यतया भूतले एव घटस्य उत्पादनं भवति, तर्हि भूतले एव सः नागरिकः अपि तिष्ठति. परन्तु सः तु घटस्य कारणं नास्ति. अत्र कार्याधिकरणम् अस्ति भूतलं, कार्याधिकरणे सः नागरिकः अस्ति, परन्तु तत् पर्याप्तं नास्ति. तर्हि यत् कारणम् इति वयं निर्णयं कुर्मः तत् कारणं कार्याधिकरणे सर्वदा भवेत्. नागरिकः तु यदा ज्ञातुम् इच्छति तस्मिन् समये एव भूतले भवति घटाधिकरणे, न अन्यदा. अतः सः नागरिकः घटस्य कारणं न भवति. अत्र घटस्य कारणं किम् इति चेत् दण्डादयः सर्वदा एव भवन्ति इति कृत्वा घटकारणानि. इत्युक्ते अत्र दण्डादयः इत्युक्ते मृत् जलं, दण्डः, अन्या सामग्री तत्र कार्याधिकरणे सर्वदा अस्ति इति कृत्वा तानि कारणानि, घटकारणानि.
हा, बहु समीचीनमस्ति भगिनि. तर्हि द्वितीयः निकषः कः अधुना?
द्वितीयः निकषः इत्युक्ते यत् वयं कारणम् इति वयं निर्णयं कुर्मः तत् कारणं कार्याधिकरणे सर्वदा भवेत्, न केवलं कार्याधिकरणे भवेत् परन्तु सर्वदा भवेत्.
हा हा, बहु समीचीनं. नाम अत्र नागरिकः तु अस्ति कार्याधिकरणे, यत्र कार्यं जायते तदेव कार्याधिकरणं. नागरिकः तु सर्वदा नास्ति खलु इति वार्ता. नागरिकः भवति वा न वा तत्र घटनिर्माणं तु भवति एव. अस्तु, तर्हि प्रथमः निकषः कः भगिनि?
प्रथमः पूर्वस्मिन् परिच्छेदे कारणं कार्याधिकरणे भवेत् इति प्रथमं. द्वितीयम् अस्ति कार्यं कार्याधिकरणे सर्वदा भवेत्.
सर्वदा भवेत् इति नियमः. अस्तु, समीचीनं. यथा भगिनी उक्तवती, दण्डः, चक्रम् इत्यादयः कार्याधिकरणे, नाम घटस्य अधिकरणे सर्वदा भवन्ति. नागरिकः तथा नास्ति, केवलम् आगच्छति गच्छति. भूतले तु बहु किमपि अस्ति खलु. यदि वयं चिन्तयामश्चेत् भूतलम् इति यदि घटोत्पत्तिः तत्र भवति चेत् भूतले पिपीलिका भवति, कुक्कुरः भवति, बहु किमपि भवति. तत्सर्वं कारणम् इति न वक्तुं शक्नुमः. किमर्थं भगिनि?
भगिनि प्रश्नः.
हा, पुनः किमर्थं सर्वदा न भवेत् इति?
नागरिकस्य विषये वा? नागरिकः सर्वदा नास्ति. यत्र सः तु घटस्य निर्माणं कथं भवति इति ज्ञातुम् इच्छति, तर्हि यदा हि सः ज्ञातुम् इच्छति तदा एव तत्र कार्याधिकरणे अस्ति, न सर्वदा. अतः नागरिकः घटस्य कारणं नास्ति, परन्तु दण्डः चक्रं मृत् सामग्री सर्वदा कार्याधिकरणे अस्ति इति कृत्वा तानि घटकारणानि.
अस्तु, समीचीनं भगिनि, सम्यक् इति एव वार्ता अस्ति. अस्तु, तर्हि निकषद्वयम् अधुना परिशीलितमस्ति. अधुना अग्रे पश्येम, अग्रिमः निकषः कः इति. विजी भगिनी पठति वा?
आं भगिनि, प्रयत्नं करो. इतोपि चिन्त्यं घटककार्यं स्वस्य अधिकरणे कपाले वर्तते, एवं सर्वथा वर्तते. अतः घटोपि घटस्य कारणं स्यात्. अतः यस्मिन् क्षणे कार्योत्पत्तिः, तत्पूर्वक्षणे कारणेन भाव्यम् इति चिन्त्यते. घटः यद्यपि वर्तते, उत्तरं सर्वदा वर्तते, परन्तु न स्व उत्पत्ते पूर्वं वर्तते. अतः न घटस्य स्वं प्रति कारणत्वा पत्तिः. प्रयत्नं करोमि. इतोपि चिन्त्यं घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते. घटस्य उपरि कपाले वर्तते.
अस्तु अस्तु भगिनि, अधुना कार्यं किं?
घटस्य उत्पत्ति, घटनिर्माणं,
घटः कार्यं,
कार्यं घटः, घटककार्यं,
घटः घटस्य अधिकरणं किं?
घटस्य अधिकरणं मृत् इत्यादि.
न, द्वितीयवाक्यं पठतु.
घटकार्यं स्वस्य अधिकरणे कपाले वर्तते, एवं सर्वदा वर्तते. घटस्य कार्यं कपाले वर्तते वा?
घटः एव कार्यं भगिनि तत्र.
घटः कार्यं,
तस्य अधिकरणं
घटः एव.
न, तत्र स्वस्य अधिकरणे,
स्वस्य अधिकरणे कपाले वर्तते
इति अस्माभिः दृष्टं खलु. घटः कपाले वर्तते केन सम्बन्धेन?
आधारादेः
सम्बन्धाः के सम्बन्धाः परिशीलिताः अस्माभिः?
आधारादेयसम्बन्धः,
समवाय. अधुना घटः कपाले केन सम्बन्धेन वर्तते?
संयोगसम्बन्ध.
गतवर्गे अपि अस्माभिः कृपया
क्षम्यतां,
बहु ध्वनिः अस्ति. इयर्फोन् अस्ति चेत् वदतु, नो चेत् मास्तु इति एव मम प्रार्थना. अस्तु, सभ्यमहोदय कृपया तद् किञ्चित् विवृणोतु.
अस्माकं कार्यमस्ति, अत्र वाक्यं लिखितमस्ति, घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते, एवं सर्वदा वर्तते. अस्माकं कार्यमस्ति घटः, घटस्य अधिकरणमस्ति कपालः. तर्हि कार्यं यत् घटः अस्ति, तत् स्वस्य अधिकरणे कपाले वर्तते, एवं सर्वदा वर्तते. यदि कपाले नास्ति चेत् तत् तर्हि घटः एव नास्ति. एवं तत्र सम्बन्धः अस्ति समवायसम्बन्धः, अवयवी अवयविनोः इति सम्बन्धः अस्ति, समवायसम्बन्धः घटकपालयोः मध्ये.
समीचीनं महोदय. तर्हि प्रथमः निकषः आसीत् कार्याधिकरणे भाव्यं, तृतीयमस्ति कार्याधिकरणे सर्वदा भाव्यम् इति. तर्हि अधुना प्रश्नः अस्ति यत् घटः स्वस्य अधिकरणे सर्वदा वर्तते वा?
पुनः प्रश्नः भगिनि, कृपया.
घटः स्वस्य अधिकरणे सर्वदा वर्तते वा?
घटः स्वस्य अधिकरणे सर्वदा वर्तते, आम्.
हा, वर्तते खलु स्वस्य अधिकरणे कपाले. अपि च अग्रे गत्वा वयं जानीमः, पश्यामः यत् कपालः घटस्य कारणम् इति. कपाले एव घटः जायते इति कृत्वा कपालः कार्याधिकरणमपि खलु. तर्हि कार्याधिकरणे घटः सर्वदा वर्तते वा?
कार्याधिकरणे घटः सर्वदा वर्तते. आम्
हा वर्तते इति कृत्वा द्वितीयनिकषम् अनुसृत्य घटः घटस्य कारणं स्यात्.
घटः घटस्य कारणं स्यात् इति हा चिन्तनमस्ति.
तदेव अत्र द्वितीयनिकषस्य अनुसारेण सर्वदा कार्याधिकरणे भवेत् इति कृत्वा घटः अपि सर्वदा कार्याधिकरणे कपाले वर्तते, तर्हि घटः घटस्य कारणं स्यात् इति आपतति. परन्तु किम् अतः
अतः यस्मिन् क्षणे क्षणे कार्योत्पत्तिः तत् पूर्वक्षणे कारणेन भाव्यमिति चिन्त्यते. इत्युक्ते यस्मिन् क्षणे घटोत्पत्तिः भवति, यस्मिन् क्षणे घटोत्पत्तिः भवति तत् यस्मिन् क्षणे घटोत्पत्तिः भवति तत् पूर्वक्षणे कारणेन भव्यमिति चिन्त्यते. इत्युक्ते यस्मिन् क्षणे घटोत्पत्तिः भवति, कार्यस्य उत्पत्तिः घटोत्पत्तिः भवति, तत् पूर्वक्षणे किमस्ति कारणेन भव्यमिति चिन्त्यते. कारणेन इत्युक्ते कपालेन, कपाले तत्र कपाले भवति इति चिन्तनम् अस्ति यदा कार्य.
अत्र वार्ता किञ्चित् भिन्ना अस्ति. कार्याधिकरणम् इति किम्?
कपालः.
कपालः. कार्यं किम्?
घटोत्पत्ति, घटः.
घटः कार्यं, कार्याधिकरणं कपालः इति सर्वं समीचीनं. परन्तु अस्माकं द्वितीयनिकषम् अनुसृत्य तत्र घटः स्वस्य कारणम् इति आपतति.
आम्
अस्तु, तर्हि घटः स्वस्य कारणम् इति स्वीकुर्मः, तदा कारणं किं स्यात्?
घटः एव.
हा, घटः एव कारणम् इति एक केवलं विवादार्थं तर्कार्थं स्वीकुर्मः. अस्तु, घटः घटस्य कारणं नास्ति इति जानीमः खलु. परन्तु हा द्वितीयनिकषम् अनुसृत्य तदापतति, तर्हि किं कुर्मः? अत्र तृतीयनिकषः अस्ति यस्मिन् क्षणे कार्योत्पत्तिः तत् पूर्वक्षणे कारणेन भाव्यम् इति तृतीयनिकषः किल. घटः स्वस्य उत्पत्तेः पूर्वक्षणे भवति वा?
नास्ति, किमपि नास्ति इत्युक्ते वयं जानीमः प्रागभावः तथा अस्ति.
समीचीनं, तर्हि स्वोत्पत्ते पूर्वक्षणं नास्ति. अस्तु, अग्रे पठतु अग्रिमवाक्यद्वयं.
घटः यद्यपि वर्तते स्वोत्पत्ते स्वोत्पत्त्युत्तरं सर्वदा वर्तते, परन्तु न स्वोत्पत्तेः पूर्वं वर्तते. इत्युक्ते स्वस्य उत्पत्तिः, घटस्य उत्पत्तिः कदा भवति इत्युक्ते घटः अस्ति कदा अस्ति? यदा तस्य उत्पत्तिः जायते तदनन्तरम् अस्ति, न तु स्वोत्पत्तेः पूर्वम्. इत्युक्ते तस्य निर्माणं यदा भवति तत् पूर्वं घटः तु नास्ति, घटः केवलम् अस्ति यदा तस्य निर्माणं भवति. अत्र फुट्नोट् अपि अस्ति, तदा तु तस्य प्रागभावः वर्तते. इत्युक्ते तस्य उत्पत्तेः पूर्वक्षणे, घटस्य उत्पत्तेः पूर्वक्षणे घटं नास्ति, वयं जानीमः तत्तु प्रागभावः. तर्हि अतः न घटस्य स्वं प्रति कारणत्व उत्पत्तिः, इत्युक्ते घटः घटं प्रति कारणं न. अतः न घटस्य स्वं प्रति, घटं प्रति कारण उत्पत्तिः, इत्युक्ते घटः घटं प्रति कारणं नास्ति इति.
कारणोत्पत्तिः न, कारणत्वापत्तिः.
हा, कारणत्वात्पत्तिः. हा
आपत्तिः इति वारं वारं पश्यामः खलु. आपत्तिः इत्युक्ते केवलम् आपतति, इष्टं न स्यात् परन्तु आपतति. परन्तु सा आपत्तिः निवारिता केन निकषेण?
तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति.
समीचीनम्. अस्तु, तर्हि तृतीयः निकषः कः महोदय?
इत्युक्ते कारणं कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति तृतीयनिकषः.
हा, बहु समीचीनं, सम्यक् इत्येव वार्ता. अस्तु, अस्य अस्मिन् विभागे प्रथमपरिच्छेदे प्रथमः निकषः कार्याधिकरणे भाव्यं, द्वितीयपरिच्छेदे तु द्वितीयः निकषः कार्याधिकरणे सर्वदा भाव्यम् इति. परन्तु घटः कार्याधिकरणे सर्वदा भवति किल इति प्रश्नः आगच्छति. तन्निवारणार्थं तृतीयः निकषः कार्योत्पत्तेः नाम घटस्य उत्पत्तेः पूर्वक्षणे घटेन भाव्यं, परन्तु घटः तथा नास्ति, स्वस्य उत्पत्तेः पूर्वक्षणं नास्ति. तदर्थं तृतीयनिकषः अस्ति स्वोत्पत्तेः पूर्वक्षणं स्वोत्पत्त्युत्तरं कारणेन कार्याधिकरणे भाव्यम् इति. समीचीनं
भगिनि, एकः प्रश्नः अस्ति, अत्र कपालः इति सामग्री अस्ति वा अथवा घटोत्पत्ति यत्र भवति तत्र कपालस्य अपि उत्पादनं भवति वा?
कपालः इति सामग्री सत्यं विद्या भगिनि, अपि च कपालः कार्याधिकरणम् इति अपि मन्यामहे.
हा,
भवती यत् पठितवती तत्र भूतलम् इति कार्याधिकरणम् आसीत् खलु, तत्तु एवमेव उदाहरणार्थं दत्तम्.
ओ अस्तु, तर्हि अत्र अत्र दण्डादयः सर्वदा एव भवन्ति इति अस्ति, घटः कार्यं स्वस्य अधिकरणे कपाले सर्वदा भवति, द्वयो उभयत्र सर्वदा अस्ति, परन्तु यत्र दण्डादयः आसीत् तत्र तु घटः न आसीत् खलु,
तर्हि
तर्हि सर्वदा इति अत्र सर्वदा इति केवलं चिन्तनार्थम् उक्तं वा?
हा, दण्डादयः दण्डादयः भगिनि सर्वदा इति भवति, परन्तु घटः अपि स्वस्य उत्पत्तिः यदा भवति, घटस्य उत्पत्तिः अद्य भवति अस्मिन् क्षणे, तस्य जन्म जातः, तर्हि घटस्य कालं पश्यामश्चेत् यावत्पर्यन्तं घटः तिष्ठति तावत्पर्यन्तं घटः कार्याधिकरणे कपाले तिष्ठति, तर्हि घटस्य कालानुगुणं सर्वदा इति वक्तुं शक्यते.
अस्तु अस्तु,
परन्तु तत्र प्रमुखः भेदः कः उभयोः मध्ये?
अत्र यत्र दण्डादयः दण्डादयः सन्ति तत्र घटोत्पत्तिपूर्वं पूर्वमपि दण्डादयः आसन्, घटोत्पत्ति यत्र भवति तत्रापि दण्डादयः आसन्, परन्तु घटः यदा तस्य उत्पत्तिः भवति तदा एव कार्याधिकरणे भवति इति वा?
इति एव वार्ता. घटः पूर्वस्मिन् क्षणे आसीत् वा?
नासीत्,
नासीत्, घटः एव कार्यं, कार्यस्य उत्पत्तेः पूर्वक्षणे नासीत् इति कृत्वा तृतीयः निकषः सव्यमहोदयेन यत् प्रतिपादितं तदागतम्.
अस्तु
अस्तु
अस्तु अस्तु, धन्यवादः भगिनि.
हा, कार्यकारणभावस्थले त्रयः निकषाः इति. अस्तु, एतत् सर्वं किमर्थं पठामः इति मनसि भवेत्, अन्योन्यभावः इति अस्माकं मूलविषयः. अस्तु, तस्य प्रतिपादनार्थम् एतत् सर्वं, तादात्म्यसम्बन्धः इत्यस्य प्रतिपादनार्थम् एतत् सर्वम् उच्यते, कथम् इति अग्रे पश्येम. समीचीनं, तर्हि अग्रे मुरलीमहोदय पठति वा?
आं भगिनि, पठामि भगिनि. हलो,
हा हा, पठतु महोदय कृपया.
अवश्यं भगिनि. ये तु घटकारणाद् कारणीभूताः दण्डचक्रादयः ते घटाधिकरणे कपाले वर्तन्ते, सर्वदा वर्तन्ते, एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति दण्डः. घटकारणं चक्रं घटकारणम् इति व्यवहारः, तथा च किञ्चन कस्यचित् कारणम् इति निर्धारयितुं.
निकषः कः इति, त्रयः निकषाः वदतु, पठतु.
ये तु घटकारिणीभूता भूताः दण्डः अथवा चक्र इत्यादयः अवश्यम् अस्ति. दण्डस्य उपयोगम् अथवा चक्रस्य उपयोगं घटनिर्माणस्य कारणम्.
अस्तु, अत्र वार्ता का इति चेत् घटकारणीभूताः दण्डचक्रादयः कुत्र वर्तन्ते?
ते घटकारणीभूताः वर्तन्ते।
महोदय वाक्यं पुनः पठित्वा किञ्चित् वदतु। ये तु घटकारणीभूताः दण्डचक्रादयः ते घटाधिकरणे कपाले वर्तन्ते। तर्हि ते
आम् भगिनि क्षम्यतां, कपाले एव वर्तन्ते।
कपालः कार्याधिकरणं खलु?
आम् आम्,
कपालः कार्याधिकरणं, तत्र
कार्याधिकरणं
समीचीनं,
तत्र एव वर्तते।
अस्तु अग्रे।
सर्वदा वर्तन्ते, यत्र यत्र घटाति कपाले वर्तते सर्वदा दण्डः चक्रः इति वर्तन्ते।
समीचीनं, कपाले सर्वदा दण्डचक्रादयः घटकारणीभूताः, नाम घटस्य कारणम् इति यं मन्यामहे तत् सर्वं यद् मन्यामहे तत् सर्वं सर्वदा वर्तन्ते। कुत्र?
कपाले।
समीचीनं, कपाले कार्याधिकरणे। अस्तु अग्रे।
दण्डचक्रादयः इति कुलालय अस्ति चेत् महोदय भगिनि, दण्डः चक्रः अथवा कुलालयं
कुम्भकारः अपि एकं कारणम् इति चिन्तयितुं शक्नुमः।
एकं कारणं सर्वदा वर्तन्ते एवं घटोत्पत्तेः एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते दण्डः कारणं चक्रं चक्रं व्यवहारः तस्मात् घटोत्पत्ते।
महोदय कथञ्चित् भवतः ध्वनिः गतः, पुनः वदतु। एवं घटोत्पत्तेः पूर्वक्षणं क्षणे वर्तन्ते,
पूर्वक्षणे वर्तन् घटोत्पत्ते पूर्वक्षणे वर्तन्ते कपाले वर्तन्ते।
के वर्तन्ते?
घटादि चक्रादि दण्डं कुलालय इत्यादि कारणात्।
हा, दण्डचक्रादयः घटोत्पत्तेः पूर्वक्षणे अपि वर्तन्ते कपाले। अस्तु, इति कृत्वा दण्डः घटकारणं चक्रं घटकारणम् इति वक्तुं शक्नुमः।
आम् आं भगिनि।
अस्तु अग्रे पठतु।
व्यवहारः तथा च किञ्चन कस्यचित् कारणम् इति निर्धारयितुं,
तत्र त्रयः निकषाः सन्ति, अग्रे पठतु।
आम् आम्, एकं तेन कार्याधिकरणे स्थातव्यं, तेन कार्याधिकरणे सर्वदा स्थातव्यं, त्रीणि तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यं, तेन कार्याधिकरणम् इति कार्याधिकरणं कार्यं घटा इति कार्यं कपालः इति कार्याधिकरणं तेन प्रथमतया कपाले वर्तन्ते।
हा, तेन इत्युक्ते केन?
तेन
कारणेन
दण्डचक्रादि इत्यादयः।
हा, इत्युक्ते कारणं कारणेन।
आम् आम्,
कारणेन कार्याधिकरणे बहु समीचीनतया उक्तं। कार्यम् इति घटः, कार्याधिकरणं कपालः, पुनः तेन इत्युक्ते कारणेन इत्युक्ते दण्डचक्रादि इति सर्वमस्ति खलु, तेन कार्याधिकरणे स्थातव्यम् इति प्रथमः निकषः। द्वितीयः निकषः,
तेन कार्याधिकरणे सर्वदा स्थातव्यम् इति पूर्वं सिद्धं, सर्वदा वर्तन्ते ते घटाधिकरणे कपाले वर्तन्ते सर्वदा वर्तन्ते इति द्वितीयं तृतीयपक्ष तृतीयं निकषतः तेन कार्यादिकरणे कार्योत्पत्ते पूर्वक्षणे स्थातव्यं तेन दण्डचक्रादयः इति कार्यादि करणस्य उपयोगम् इति कार्यं घटं कार्यस्य अधिकरणं कपालम् सो कार्यादिकरणं करणे कार्योत्पत्ते कपालमेव प्रथमतया उत्पद्यते
तत्र वार एकनिमिषः महोदय अहमेव वदिष्यामि तत्र कार्योत्पत्तिः इत्युक्ते घटस्य उत्पत्तिः तस्मात् पूर्वम् अथवा कार्योत्पत्तेः पूर्वक्षणे कारणेन स्थातव्यं कारणेन कुत्र स्थातव्यं कार्याधिकरणे कपाले तत्समीचीनम् इति त्रयः निकषाः कार्यकारणभावस्य त्रयः निकषाः इति मनसि भवेत् अस्तु कोऽपि प्रश्नः वा कस्यचित् अत्र
प्रश्नः भगिनि पूर्वपटे नागरीकः इति can you just explain this one more time please
नागरीकः इत्युक्ते कोऽपि जनः महोदय
कोऽपि
जनः कश्चित् मनुष्यः अस्तु सः घटनिर्माणस्थले आगच्छति घटनिर्माणस्थलम् इत्युक्ते कार्याधिकरणं तत्र सः आगच्छति नागरिकः सः आगच्छति चेत् सः अपि कारणं वा
नास्ति
नास्ति खलु यतोहि अधुना इव भवता पठितं निकषत्रयं यद्यपि सः कार्याधिकरणे अस्ति तथापि सः सर्वदा नास्ति कार्याधिकरणे इति कृत्वा सः कारणं नास्ति तदर्थमेव त्रयः निकषाः अत्र अनुसरणीयाः कारणमिति वक्तुं कार्याधिकरणे स्थातव्यं कारणेन कार्याधिकरणे सर्वदा स्थातव्यं कारणेन अपि च कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे अपि स्थातव्यं कारणेन इति त्रयः निकषाः
धन्यवादः
नागरिकः तु तद्विरुद्धं यतोहि सर्वदा न भवति कार्याधिकरणे इति कृत्वा सः कारणम्
अस्तु जगन्नाथ
प्रश्नद्वयमस्ति कार्याधिकरणम् इत्युक्ते रा मेटीरियल्स् वक्तुं शक्नुमः वा
न अधिकरणम् इत्युक्ते किं
भिन्नभिन्न अर्थाः सन्ति
अस्तु अधिकरणम् इत्यस्य सामान्य अर्थः कः महोदय वयम् आरम्भतः पश्यन्तः स्मः खलु अधिकरणम् इत्युक्ते किम् कार्याधिकरणम् इत्युक्ते तत्र षष्टितत्पुरुषसमासः कार्यस्य अधिकरणं कार्याधिकरणं तावदेव
अस्तु कार्यस्य आधारः सर्वदा वर्तते मम द्वितीयप्रश्नं यदि
एकनिमिषः प्रथमतया बहवः जनाः दोषं कृतवन्तः घटः इति नपुंसकलिङ्गपदं नास्ति पुल्लिङ्गपदं घटः कपालः अपि पुल्लिङ्गपदं प्रश्नः अपि पुल्लिङ्गपदम् अस्तु जगन्नाथमहोदय
सर्वदा वदामश्चेत् तर्हि तत्र निमित्तं किमपि नास्ति तर्हि तृतीयनिकषस्य किमर्थं निकषः तृतीयनिकषः किमर्थमस्ति तत्र
भवानेव वदतु अधुना द्वितीयपरिच्छेदे किं प्रदर्शितं मुरळीमहोदय कृपया म्यूट् मध्ये गच्छतु धन्यवादः अस्तु महोदय तत्र पश्यतु तृतीयनिकषः किमर्थम् आवश्यकः इति भवान् पृच्छति खलु तत्र द्वितीयपरिच्छेदे किम् उक्तम् नागरिकः अस्ति
नागरिकः अस्ति अस्तु सः तत्र भवति किन्तु तस्य तस्य उपस्थितिः उपस्थिति वा अनुपस्थितिः वा तस्य किमपि प्रभावः नास्ति,
सर्वदा नास्ति इति वार्ता खलु. अस्तु, सर्वदा सर्वदा इति द्वितीयः निकषः आगतः. केवलं कार्याधिकरणे भाव्यम् इति न, कार्याधिकरणे सर्वदा भाव्यम् इति द्वितीयः निकषः आगतः इति समीचीनं. परन्तु तृतीयपरिच्छेदे यत् सव्यमहोदय पठितवान् तत्र किम् आसीत्?
तत्र कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे
तत्र तत्र उदाहरणं किम् आसीत्? अस्तु, सर्वदा स्थातव्यम् इति वदति चेत् घटः सर्वदा भवति खलु कार्याधिकरणे. परन्तु घटः स्वस्य कारणमस्ति वा?
नास्ति.
नास्ति, किमर्थं नास्ति?
तस्य उत्पत्ते पूर्वं घटः न भवति.
हा, इत्येव वार्ता. उत्पत्तेः पूर्वक्षणं नास्ति, तदर्थमेव तृतीयनिकषः आगतः. अस्तु, केवलं सर्वदा स्थातव्यम् इति वदामश्चेत् घटः घटस्य कारणं, पटः पटस्य कारणम्, एतत् सर्वम् आगच्छति, तत्तु दोषाय किल इति कृत्वा तृतीयः निकषः आगतः. बुद्धम्?
अस्तु, धन्यवादः
भगिनी. भगिनी, एक सन्देहं, दण्डचक्रादयः इति केवलं निमित्तकारणम् अथवा उपादानकारणं?
महोदय, अग्रे कारणस्य विषये इतोपि स्पष्टतया परिशीलयामः. समवायिकारणम्, असमवायिकारणं, निमित्तकारणं, तदा निमित्तकारणम् इति. अस्तु, सम्यक्. विद्या भगिनी, प्रश्नः आसीत् इति भाति.
इदानीं समाधानं जातं भगिनि. अत्र मम प्रश्नः आसीत्, अत्र निकषद्वयमेव पर्याप्तं, कार्याधिकरणे सर्वदा स्थातव्यं, कार्याधिकरणे कार्योत्पत्ति पूर्वक्षणे स्थातव्यम् इति एव पर्याप्तम्, अत्र कार्याधिकरणे स्थातव्यम् इति पृथक्तया किमर्थम् इति प्रायः स्पष्टीकरणार्थम् इति एव चिन्तयामि.
प्रायः स्पष्टीकरणार्थमेव. तर्हि केवलं स्थातव्यम् इति उक्त्वा तदनन्तरं विशेषदलम् इति चिन्तयतु. स्थातव्यं, सर्वदा स्थातव्यं, पूर्वक्षणे स्थातव्यम्.
अस्तु, अस्तु,
सम्यक्. तर्हि अस्तु, इतः अग्रे सरेम. यथा मया पूर्वोक्तं, तादात्म्यसम्बन्धः इति प्रमुखः विचारः, तद् मनसि भवेत्. कार्यकारणभावस्य आधारेण कथं प्रतिपादयन्ति इति. राजेन्दर् महोदय अग्रे पठति वा?
आं भगिनि. भगिनि, यदा विद्याभगिनी प्रश्नं पृष्टवती, अहं चिन्तयामि तथा त्रय निकषाः सन्ति. तत्र यदा केवलं वदामः कार्याधिकरणे स्थातव्यं, तथा तत् कदा स्थातव्यं, कदा न स्थातव्यं, तत् तत् स्पष्टीकरणार्थं तत् निकषाः द्वयम् अपि च त्रयं तत् आवश्यकम् अस्ति. यथा कार्याधिकरणे स्थातव्यं, तत्र कदा स्थातव्यं, पूर्वम् अथवा अनन्तरं वा, तत्र स्पष्टीकरणं न भवति तथा, तेन अहं चिन्तयामि.
हा, इति सत्यमेव महोदय, सम्यक् एव. यतोहि तत्र नागरिकः सर्वदा न भवति खलु. स्थातव्यम् इति वदामश्चेत् बहु किमपि स्थास्यति कार्याधिकरणे. नागरिकः, कुक्कुरः, पिपीलिका, यत्किमपि, तदर्थमेव सर्वदा, पूर्वक्षणे इत्यादिकम्. अस्तु, सम्यक् महोदय. राजेन्द्रमहोदय, कृपया अग्रे.
तादात्म्य अस्वीकारे कपालस्य घटकारणत्व असम्भवः. इत्थं च कपालः घटं प्रति कारणं न स्यात्. अत्र चित्रम् अस्ति, तत्र कपालः उपरि घटः, संयोगः, देशिकविशेषणता, कालिकः, वक्ष्यमाणः, विषयिता, वक्ष्यमाणा, एते सम्बन्धैः कपालः स्वस्मिन् नास्ति नास्ति. अत्र तादात्म्य, यदि वयं तादात्म्यसम्बन्धः स्वीकारः न कुर्मश्चेत् ततः किम् आपतति? घटकारणतो असम्भवः भवति. यदि वयं न स्वीकुर्मः तादात्म्यसम्बन्धः अपि तत् भवति, तत् कारणस्य कपालस्य घटकारणत्वम् असम्भवः भवति एव वा भगिनि?
हा समीचीनमेव महोदय. तादात्म्य अस्वीकारे इति एव उक्तं भवता. तादात्म्यम् तादात्म्यस्य अस्वीकारे नाम तादात्म्यं न स्वीकुर्मश्चेत् तदा किं
कपालस्य घटकारणत्वम् असम्भवः भवति.
समीचीनं. यतोहि वयं जानीमः कपालः घटस्य कारणम् अवश्यम् इति जानीमः. कीदृशकारणम् इति अग्रे परिशीलयामः. किन्तु कपालः घटस्य कारणं यदि वयं तादात्म्यं न स्वीकुर्मश्चेत् तदा कपालस्य कारणत्वं साधयितुं न शक्नुमः.
इत्थं च कपालः घटं प्रति कारणं न स्यात्. कपालः एतैः सम्बन्धैः कपालः स्वस्मिन् नास्ति. कपालः स्वस्मिन् घटे नास्ति. कपालः घटे नास्ति. कपालः संयोगेन सम्बन्धेन न स्वस्मिन् नास्ति नास्ति. देशिकविशेषणता सम्बन्धेन स्वरूपसम्बन्धेन नास्ति. कालिकसम्बन्धेन अपि च विषयतासम्बन्धेन स्वस्मिन् नास्ति. एतस्मिन् सम्बन्धे हि कपालः स्वस्मिन् नास्ति. न आसीत् चेत् तदा केन सम्बन्धेन स्वस्मिन् अस्ति, तत्र प्रश्नः अस्ति.
बहु समीचीनं महोदय. इत्येव वार्ता. अत्र चित्रे कपालः इति प्रदर्शितः अपि च घटः प्रदर्शितः. किमर्थम्?
घटः कपाले एव वर्तते, परन्तु कपालः घटे न वर्तते
इति सर्वं सत्यं. घटः कपाले केन सम्बन्धेन? समवायेन सम्बन्धेन
सम्बन्धेन वर्तते.
परन्तु अत्र चित्रस्य महत्त्वं किं? कार्यकारणभावविचारे महत्त्वं किम्?
आम्, अत्र अस्ति उपरि यथा लिखितम् अस्ति स्वस्मिन् कपालः स्वस्मिन् केन सम्बन्धेन न भवति सम्बन्धे. घटे अपि कपालः घटे स्वस्मिन् सम्बन्धेन न अस्ति संयोगसम्बन्ध
इति सत्यं महोदय. किन्तु अत्र घटः कपालः इति वार्ता, तत्र कार्याधिकरणं किम्?
कार्याधिकरणं तु कपालः अस्ति.
बहु समीचीनं. कार्यं किं?
कार्यं तु घटः.
घटः कार्यं, कपालः कार्याधिकरणं, पुनः कपालः कारणमपि.
आम्,
तदर्थमेव चित्रे प्रदर्शितं कपालः. अस्तु, कार्यकरणभावस्य निकषत्रयं खलु, कार्याधिकरणे स्थातव्यम् इति, सर्वदा स्थातव्यं, पूर्वक्षणे स्थातव्यम् इति कृत्वा कपालः कपाले भवेत् इति आगच्छति किल? किमर्थम्
आगच्छति?
कार्यकारणभावसन्दर्भे कपालः कपाले भवेत् इति आगच्छति, किमर्थं तथा?
तत्र कपालस्य अधिकरणं कपालः एव स्वस्मिन् अस्ति कपालः.
मम प्रश्नः अस्ति किमर्थं कार्यकारणसन्दर्भे, यतोहि कपालः कार्याधिकरणं खलु. कपालः कार्याधिकरणम् अपि च कपालः कारणमपि.
आम् आम्, तत् सत्यम्.
तदा कारणं कार्याधिकरणे भवेत् इति निकषः किल?
परन्तु कपालः घटस्य कारणं भवति, कपालः कपालस्य कारणं न भवति
इति सत्यं. परन्तु कपालः एव कार्याधिकरणं खलु इति अवगच्छति वा महोदय? घटः कार्यं, कपालः कार्याधिकरणं. कार्याधिकरणे कपाले कारणेन भाव्यम् इति सत्यमस्ति न वा?
अवगतं
महोदय. अत्र वार्तात्रयं, घटः कार्यं, कपालः कारणं, कपालः कार्याधिकरणम् इति वार्तात्रयमस्ति खलु?
आम्,
वार्तात्रयमस्ति. तर्हि मम प्रश्नः अस्ति, अस्य चित्रस्य महत्त्वं किम् इति चेत् कपालः कुत्र भवेत्? कार्यकारणभावविचारे कपालः कुत्र भवेत्? कपालः स्वस्मिन् भवेत् किल? किमर्थं कपालः स्वस्मिन् भवेत् इति साधनीयम्?
आं परन्तु कपालः स्वस्मिन् भवेत्, परन्तु कपालः
अस्तु महोदय, कपालः स्वस्मिन् भवेत् इति साधनीयं, यतोहि कपालः स्वयमेव कार्याधिकरणं, कार्याधिकरणं कपालः, कारणमपि कपालः, तदर्थं कपाले कपालः भवेत् इति साधनीयम् इति वार्ता. अपि च चित्रे संयोगः, दैशिकविशेषणता, कालिकविशेषणता, विषयतासम्बन्धः, एतैः सम्बन्धैः कपालः स्वस्मिन् न भवति इति वार्ता. एतत् अवगच्छति इति भाति. अस्तु, तर्हि अस्तु, अग्रे पठतु महोदय.
घट अधिकरणे कपाले कपालः स्वयं न प्रसिद्धैः संयोगादिभिः वर्तते. कुतः? पुनः पठामि महोदय. घट अधिकरणे कपाले कपालः स्वयं न प्रसिद्धैः संयोगादिभिः वर्तते. कुतः? संयोगः भिन्नभिन्नोर् एव द्रव्योर् भवति. समवायो अपि गुणगुणेन भावादिस्थले एव कल्पितः. प्रतियोगितादिरूपता अपि कपालस्य नास्ति. तेन देशिकविशेषणता अपि न सम्बन्धः. किञ्च सम्बन्धिनो भेदे सति एव संयोगसमवायादयः सम्भवन्ति इति कथम् एकस्य एव कपालस्य अभिन्नस्य स्वस्मिन् समवाय आदयः स्युः? अत्र वार्ता अस्ति घट अधिकरणे कपाले कपालः स्वयं संयोगसम्बन्धेन न वर्तते. कपालः घट अधिकरणे कपाले संयोगसम्बन्धेन न वर्तते. संयोग तु भिन्नद्रव्यो मध्ये अस्ति संयोगः, परन्तु तथा एतादृशी स्थितिः नास्ति. तत्कारणात् तत् संयोगसम्बन्धेन कपालः कपाले न वर्तते. समवाय अपि गुणगुण समवायः तु गुणगुणेनापि गुणगुणेन भाव आदिस्थले एव कल्पितः. समवायसम्बन्धात् गुणगुणेन कार्यक्रियान्तौ स्थले एव समवायसम्बन्धः अस्ति. तत् अपि कपाले समवायसम्बन्धेन अपि कपाले कपालः न अस्ति. प्रतियोगिता आदिरूपति कपालस्य नास्ति. प्रतियोगितारूप अपि कपालस्य तत् सम्बन्धेन कपालस्य न अस्ति. तत् सः रूपः कपालस्य न अस्ति.
एतत् किमर्थम् उक्तं महोदय? समवायस्य विषये यदुक्तं भवता तत् सत्यं, गुणगुणिनोः क्रियाक्रियवितोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोः अवयव अवयविनोः एव समवायः इति सर्वं सत्यं. परन्तु प्रतियोगितादिरूपता अपि कपालस्य नास्ति इति किमर्थम् उक्तम्? पूर्वस्मिन् पृष्ठे प्रतियोगिता घटे दैशिकविशेषणता सम्बन्धेन वर्तते इति प्रदर्शितमासीत्. अस्तु, अत्रापि उक्तं दैशिकविशेषणता इति सम्बन्धः प्रदर्शितः चित्रे. दैशिकविशेषणता तत्रैव भवति यत्र प्रतियोगिता, अनुयोगिता, अभावः इत्यादयः पदार्थः. कपालः तु तथा नास्ति किल?
तत्र अनुयोगिता नास्ति कपाले, कपालस्य प्रति
कपालः अनुयोगिता नास्ति. अस्तु, अग्रे.
तेन देशिकविशेषणता अपि न सम्बन्धः. यथा तत्र प्रतियोगिता नास्ति, तत् देशिकविशेषणता अपि सम्बन्धः न अस्ति. किञ्च सम्बन्धिनो भेदे सति एव संयोगसमवाय आदयः सम्भवन्ति इति कथम् एकस्यैव कपालस्य अभिन्नस्य स्वस्मिन् समवाय आदयः स्युः? यद्यपि अत्र पूर्वं यथा लिखितम् अस्ति तत् तथा केन सम्बन्धेन कपालः कपाले वर्तते यथा तत्र संयोगः समवायः अपि च देशिकविशेषणता तादृशी सम्बन्धाः कपालः कपाले न वर्तते तथा कस्मिन् सम्बन्धेन केन सम्बन्धेन कपालः स्वस्मिन् वर्तते तथा प्रश्नः उदेति.
वस्तुतः प्रश्नः कः इति चेत् सम्बन्धिनोः भेदे सति. सम्बन्धिनौ इत्युक्ते द्वौ पदार्थौ खलु, ययोः मध्ये सम्बन्धः सम्बन्धी, द्विवचने सम्बन्धिनौ, षष्टि सम्बन्धिनोः द्विवचने, तयोः भेदे सति एव. यदि सम्बन्धिनोः भेदः वर्तते तदा एव वयं संयोगः समवायः अथवा किं दैशिकविशेषणता इत्यादिकं वक्तुं शक्नुमः किल.
परन्तु अत्र प्रश्नः अस्ति कपालः कपाले कस्मिन् केन सम्बन्धेन वर्तते.
सम्बन्धिनोः
सम्बन्धिनो भेदः न अस्ति.
हा समीचीनम् इत्येव वार्ता.
तत्र संयोगः समवायः अति अन्य सम्बन्धिनः न सम्भवन्ति सम्भवन्ति. तत् प्रश्नः उदेति कस्मिन् कपालः स्वस्मिन् केन सम्बन्धेन वर्तते.
समीचीनं सम्यक् इत्येव वार्ता. अस्तु, अस्माभिः किं साधनीयं? कपालः कपाले वर्तते इति साधनीयम्, यतोहि कपालः कार्याधिकरणे कपाले वर्तते इति साधनीयं. कपालः स्वयं कार्याधिकरणं खलु. तदर्थं कपालः कारणं भूत्वा स्वस्मिन् इत्युक्ते कार्याधिकरणे कपाले केन सम्बन्धेन वर्तते इति साधनीयं भवति अस्माभिः. बुद्धं वा महोदय?
धन्यवादः.
समीचीनम्. अग्रे सरला भगिनी.
अस्तु भगिनि, अतः कपालस्य सस्मिन् सम्बन्ध तादात्म्यम् इति उच्यते. कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटम् उत्पादयति इति भवति कपालः घटस्य कारणम्. अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः स तादात्म्यसम्बन्ध इति सिद्धम्. अतः कपालस्य स्वस्मिन् सम्बन्ध तादात्म्यम् इति उच्यते. कपाले स्वस्मिन् केन सम्बन्धः वर्तते, तत् सम्बन्धस्य नाम अस्ति तादात्म्यसम्बन्ध. वयं पूर्व परिच्छेदे दृष्टवन्तः कपालस्वस्मिन् समवाय संयोग स्वरूपसम्बन्धेन कालिकसम्बन्धेन विषयतासम्बन्धेन न भवितुं शक्यते. अतः नूतनसम्बन्ध वयं जानीमः, तस्य नाम अस्ति तादात्म्यसम्बन्ध. कपालस्वस्मिन् तादात्म्यसम्बन्धेन वर्तते. कपालस्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटम् उत्पादयति इति भवति कपालः. कपालकारणम् अस्ति कार्याधिकरणे कपाले घटकार्यं भवति. कथं घटकार्यं भवति? कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन समवायसम्बन्धेन कपालः घट उत्पन्नं करोति. तस्य वयं पूर्वं जानीमः अवयवीनोः मध्ये समवायसम्बन्धः अस्ति. अवयव अस्ति कपाल, अवयविनी भवति अवयवी भवति घटः, तयोः मध्ये समवायसम्बन्धः अस्ति. सो कपाल स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन घटम् उत्पन्नं करोति घटस्य कारणम्. अतः कपाल भवति घटस्य कारणम्. अतः सर्वस्यापि पदार्थस्य स्वस्मिन् सम्बन्धः स तादात्म्यसम्बन्धः. सर्वे पदार्थाः स्वस्मिन् केन सम्बन्धः तिष्ठति, तेषु तादात्म्यसम्बन्धेन तिष्ठन्ति.
हा बहु समीचीनं भगिनि इति वार्ता. तर्हि भगिन्या सर्वं सम्यक्तया एव उक्तम्. अस्तु, इत्युक्ते घटः स्वस्मिन् तादात्म्येन भवति, स्वस्मिन् स्थित्वा तादात्म्येन घटम् उत्पादयति. अपि च यथा भगिनी उक्तवती घटकपालयोः समवायसम्बन्धः, अतः एव उक्तम् अत्र स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटम् उत्पादयति इति कृत्वा घटस्य कारणमस्ति कपालः. अग्रे गत्वा परिशीलयामः. तादात्म्येन स्थित्वा समवायेन उत्पादनम् इति चेत् समवायीकारणम् इति अग्रे परिशीलयामः. किन्तु वार्ता का इति चेत् घटः कार्यम् अस्ति, घटः कार्याधिकरणे कपाले अस्ति, परन्तु कार्याधिकरणे कपाले कपालेन अपि स्थातव्यम्, इत्युक्ते कपालः कपाले भवेत् इति आनेतव्यं. तत् कथम् इति वार्ता. तत् कथं भवति इति चेत् कपालः कपाले तादात्म्येन वर्तते इति तादात्म्यसम्बन्धः कल्पितः. अस्तु, इतः अग्रे सरेम. अस्माकं मुख्यविषयः यथा मया उक्तम् अन्योन्याभावः, तस्य परिशीलनं, तदर्थं तादात्म्यसम्बन्धः आवश्यकः आसीत् तस्य अवगमनार्थम्. अग्रिमपरिच्छेदः अन्योन्याभावस्य विषये अस्ति. शिवराम महोदय, एकनिमिषं. मेहुलमहोदय अस्ति वा? मेहुलमहोदय नास्ति इति भाति. शिवराम महोदय तर्हि.
सर्वोपि पदार्थाः उक्तसम्बन्धेन स्वस्मिन् भवति, तेन सम्बन्धेन घटः नास्ति इति भावः घटं विहाय जगति सर्वत्र भवति, अयमेव च भेदः. प्रतियोगिनं विहाय सः सर्वत्र भवति, एवं पटः न इति भेदः, पटं प्रतियोगिनं विहाय सर्वत्र भवति, अयम् एव च भेदः. अन्योन्यभावः इति अभावविभागे चतुर्थः निर्दिष्टः, तत् लक्षणं च सङ्ग्रहपङ्क्तिवाख्याने निरूपयिष्यते. सर्वे पदार्थाः उक्तसम्बन्धेन स्वस्मिन् भवति, उक्तसम्बन्धेन नाम तादात्म्यसम्बन्धेन. सर्वस्य पदार्थस्य स्वस्मिन् यः सम्बन्धः, सः सम्बन्धः तादात्म्यसम्बन्धः. तेन सम्बन्धेन घटः नास्ति इति भावः घटं विहाय जगति सर्वत्र भवति.
बहु सावधानतया पठनीयं, यतोहि भावः अभावः तयोः मध्ये महान् भेदः खलु.
नास्ति, हा, तेन सम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति. तेन सम्बन्धेन घटः नास्ति इति अभावः, घट नास्ति इति अभावः, घटविहाय वाक्यं स्पष्टमस्ति, घटविहाय जगति सर्वत्र, घटम् अतिरिच्य अन्य जगति ये पदार्थाः सन्ति तत् तस्य सम्बन्धः भवति.
हा, केन सम्बन्धेन घटः नास्ति इति अभावः?
तादात्म्यसम्बन्धेन.
सत्यम्, यतोहि घटः स्वस्मिन् तादात्म्येन भवति. घटः पटे तादात्म्येन भवति वा?
न.
पटः घटे तादात्म्येन भवति वा?
न, न, तत् संयोगः.
संयोगः, अतः एव अभावस्य सम्बन्धः कः इति मुख्यः विषयः. तेन सम्बन्धेन नाम तादात्म्यसम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति. सत्यं खलु? सत्यमेव. तादात्म्यसम्बन्धेन घटस्य अभावः सर्वत्र भवति. वाक्यं सत्यं वा?
अवगतं.
नास्ति इति अभावः तादात्म्यसम्बन्धे. अधुना अभावस्य विषये सम्बन्धस्य प्रयोगः कथमिति किञ्चित् पश्येम. भूतले घटः अस्ति, अस्तु, भूतले घटः अस्ति चेत् केन सम्बन्धेन?
संयोगसम्बन्धेन.
भूतले घटः नास्ति चेत् अभावः अपि संयोगेन इति वदामः, यतोहि यदि भूतले घटः अभविष्यत् तर्हि भूतले घटः संयोगेन एव अभविष्यत्.
संयोगेन.
अतः एव तादृश व्यवहारः भवति. तादात्म्यसम्बन्धेन घटः नास्ति अथवा संयोगसम्बन्धेन घटः नास्ति, तादृशव्यवहारः. अपि च उदाहरणत्वेन किम्, आकाशे, आकाशे शब्दः अस्ति, आकाशे गन्धः नास्ति. अस्तु, यदि आकाशे गन्धः अभविष्यत् तर्हि केन सम्बन्धेन अभविष्यत्?
संयोगसम्बन्धेनैव
चिन्तयतु गन्धः गुणः यदि यदि अभविष्यत् समवायेन अभविष्यत् इति कृत्वा आकाशे गन्धाभावः अथवा आकाशे गन्धः नास्ति इति अभावः समवायेन इति वदामः. एवमेव अत्रापि तादात्म्यसम्बन्धेन घटः नास्ति. तादात्म्यसम्बन्धेन घटः कुत्र नास्ति?
तादात्म्यसम्बन्धेन घटः भूतले नास्ति.
भूतले नास्ति
न घटे नास्ति.
न महोदय, तादात्म्यसम्बन्धेन घटः घटे अस्ति. तादात्म्यसम्बन्धेन घटः कुत्र नास्ति? अस्तु शिवराम महोदय वदतु, सः नूतनः.
घट अभावे नास्ति
न घट. भवान् पठितवान् अवगतवान् च घटं विहाय जगति सर्वत्र.
घटं विहाय सर्वत्र तस्य
तादात्म्यसम्बन्धेन घटः नास्ति. तादात्म्यसम्बन्धेन घटः नास्ति कुत्र इति चेत् घटं विहाय सर्वत्र.
घटं विहाय सर्वत्र.
पटः, भूतलं, मठः, उत्पीठिका, सर्वत्र घटस्य अभावः तादात्म्यसम्बन्धेन.
यत्किमपि
समीचीनम्. अस्तु, अग्रे गच्छतु.
अयमेव च भेदः, प्रतियोगिनं विहाय सः सर्वत्र भवति. प्रतियोगिनं विहाय, प्रतियोगिनं विहाय सः सर्वत्र भवति. सम्बन्धः
प्रथमतया अयं च भेदः इति उक्तम्. अयमेव च भेदः, भेदः अवगन्तव्यं. घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र इति अवगच्छति वा? इति एकः अभावः. तस्य अभावस्य नाम भेदः. न्यायशास्त्रे यत्र कुत्रापि भेदः भेदः इति वदामः तत्र भेदः इत्यस्य अर्थः अन्योन्याभावः इति. अस्तु, अयमेव च भेदः अथवा अन्योन्याभावः. अग्रे पठतु. कुत्र
प्रतियोगिनं विहाय सः सर्वत्र भवति. अन्योन्याभावः प्रतियोगिनं विहाय सः सर्वत्र भवति
इति किञ्चित् उदाहरणत्वेन वदतु. घटस्य अन्योन्याभावः इत्यत्र घटान्योन्याभावः इत्यत्र प्रतियोगी कः?
घटाभावः प्रतियोगी.
महोदय, प्रतियोगिता कुत्र वर्तते? अभावस्थले प्रतियोगिता कुत्र वर्तते?
अभावस्थले वर्तते.
अभावस्य घटाभावः इति वदामश्चेत् प्रतियोगिता कुत्र वर्तते?
घटे वर्तते.
घटे वर्तते, तर्हि प्रतियोगी कः? प्रतियोगी कः तत्र? प्रतियोगिता घटे वर्तते चेत् प्रतियोगी कः?
प्रतियोगी घटाभावः.
अधुनैव उक्तं भवता प्रतियोगिता घटे अस्ति चेत् प्रतियोगिता यत्र वर्तते सः प्रतियोगी खलु, तर्हि घटः प्रतियोगी.
घटः प्रतियोगी. घटः प्रतियोगी अस्ति.
घटः प्रतियोगी. अनुयोगी कः?
घटाभावः.
घटाभावः अनुयोगी, बहु समीचीनम्. तद् मनसि भवेत्, यत्र प्रतियोगिता वर्तते सः प्रतियोगी, यत्र अनुयोगिता वर्तते सः अनुयोगी. अधुना अस्माकं विषयः अस्ति भेदः अथवा अन्योन्याभावः. अन्योन्यभावः कुत्र वर्तते इति अग्रिमवाक्यं. प्रतियोगिनं विहाय सः
घटविहाय सर्वत्र वर्तते. प्रतियोगिनं विहाय सः सर्वत्र भवति. नाम उदाहरणं यदि वयं स्वीकुर्मः चेत् घटविहाय सर्वत्र सः भेदः वर्तते, अन्योन्यभावः वर्तते
इति सत्यमेव खलु. घटः प्रतियोगी, घटं प्रतियोगिनं विहाय घटस्य भेदः सर्वत्र अस्ति. किमर्थं तथा? अन्योन्याभावस्य विशिष्ट अन्योन्याभावस्य विशिष्टपरिभाषा अस्ति खलु. अन्योन्याभावस्थले तादात्म्यसम्बन्धः इति विशेषः. घटः तादात्म्यसम्बन्धेन कुत्र वर्तते?
घटः तादात्म्यसम्बन्धेन घटे एव वर्तते,
घटे एव न अन्यत्र,
न अन्यत्र घटे एव।
अतः घटभेदः कुत्र वर्तते?
घटभेदः घटं विहाय अन्यत्र
सर्वत्र लोके वर्तते,
सर्वत्र सर्वत्र लोके वर्तते।
अस्तु अग्रे पठतु।
एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति। एवं पटः न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति। उदाहरणं केवलं पटस्य विषये अस्ति तत्। एवं पटः न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति। पटः न इति भेदः, पटः न इति भेदः पटं प्रतियोगिनः, अवगतं मम मया एतत्, पटं प्रतियोगिनं विहाय सर्वत्र भवति। पटं विहाय सर्वत्र अन्योन्याभावः तत्र वर्तते।
कस्य अन्योन्याभावः?
पटस्य पटाभावस्य
पटाभावस्य इति वदामः महोदय, पटस्य अन्योन्याभावः अथवा पटस्य पटाभावस्य अन्योन्याभावः इति चेत् अभावस्य अभावः, तद् नास्ति, समीचीनं नास्ति। पटस्य अन्योन्याभावः
पटस्य अन्योन्याभावः
कुत्र वर्तते?
पटविहाय सर्वत्र भवति।
हा समीचीनं, यतोहि केवलं पटे एव पटः तादात्म्येन भवति, अन्यत्र न,
अन्यत्र न।
अस्तु अग्रे,
अयमेव च भेदः अन्योन्याभावः इति अभावविभागे चतुर्थः निर्दिष्टः। अयमेव भेदः अयमेव च भेदः अन्योन्याभावः, अन्योन्याभावः इति चतुर्थः, यथा प्राग्भावः प्रध्वंसाभावः अत्यन्त अभावः तथा चतुर्थः अन्योन्याभावः यत् अस्ति अभावे, सः अयमेव भेदः।
भेदः इत्युक्ते अन्योन्याभावः,
अन्योन्याभावः
इति अस्ति वा? अपि च अग्रिम अन्तिमवाक्यं,
तत् लक्षणं च सङ्ग्रहपङ्क्तिवाक्यानि निरूपयिष्यते। अन्योन्याभावस्य लक्षणं अग्रे सङ्ग्रहपङ्क्तिव्याख्याने निरूपयिष्यते। लक्षणग्रन्थे तस्य इतोपि विस्तारेण तस्य निरूपणं भवति।
अस्तु समीचीनम्, इति अन्योन्याभावः। अन्ततो गत्वा एकं प्रश्नं पृच्छामि, घटाभावः घटे अस्ति वा?
नास्ति,
घटाभावः घटे नास्ति। किमर्थम्?
घटः भावपदः तादात्म्येन,
हा महोदय, किन्तु महोदय किन्तु
परस्परं विरोधः
तत्सर्वं
घटः तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति, तर्हि तत्र घटाभावः तु नास्ति
इति वार्ता। घटे घटाभावः अस्ति वा इति कोऽपि पृच्छति चेत् न इति उत्तरं, यतोहि यथा सव्यमहोदय उक्तवान्, घटः सर्वदा तादात्म्यसम्बन्धेन स्वस्मिन् भवति। अस्तु, घटाभावः पटे अस्ति वा? राजेन्द्र महोदय,
अस्ति भगिनि।
किमर्थं?
किमर्थं घटः तादात्म्यसम्बन्धेन पटे न अस्ति, तत् संयोगसम्बन्धेन भवितुम् अर्हति।
समीचीनं, तर्हि प्रश्नम् इतोपि विशिष्टतया पृच्छामि, घटभेदः पटे अस्ति वा?
आम्,
घटभेदः पटे अस्ति। भेदः इत्युक्ते अन्योन्याभावः, घटभेदः अथवा घट अन्योन्याभावः अवश्यं पटे अस्ति। घटभेदः घटे अस्ति वा?
घटभेदः घटे अस्ति, आं, न भगिनि, तथा नास्ति। घटः तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति, तत् कारणात् भेदः नास्ति घटे।
हा इति मनसि स्पष्टता भवेत्, भेदः इत्युक्ते अन्योन्याभावः इति मनसि भवेत्, घटभेदः घटे नास्ति अथवा घटस्य अन्योन्याभावः घटे नास्ति। घटभेदः घटस्य अन्योन्यभावः पटे अवश्यम् अस्ति. तदर्थमेव न्यायशास्त्रे सर्वे पदार्थाः भिन्नाः इति वदामः. सर्वे पदार्थाः किमर्थं भिन्नाः इत्युक्ते सर्वस्य पदार्थस्य भेदः अपरेषु पदार्थेषु वर्तते एव. सत्यमस्ति न वा?
आम् सत्यं
सत्यम् अस्तु. इति भेदः अथवा अन्योन्यभावः इति विषयः. परन्तु घटाभावः पटे अस्ति इति सर्वदा न वक्तुं शक्नुमः. इदानीं पटः अस्ति, पटस्य उपरि घटं स्थापयामि चेत् तत्र घटाभावः नास्ति खलु. तत्तु घटस्य अत्यन्ताभावः इति. घटस्य अत्यन्ताभावः पटे निवारयितुं शक्यते, परन्तु घटस्य अन्योन्यभावं न कदापि पटे निवारयितुं शक्यते इति वार्ता. सर्वैः बुद्धं वा नूतनैः?
इत्युक्ते अन्योन्यभावः नित्यः, अत्यन्ताभावः तात्कालिकः इति वा?
अत्यन्तभावं निवारयितुं शक्नुमः, अन्योन्यभावः नित्यः. समीचीनं भगिनि इति वार्ता. तथा पश्यामश्चेत् सर्वेषु पदार्थेषु अपरेषाम् अन्योन्यभावः वर्तते एव.
अन्योन्यभावः नाम वस्तुवैलक्षणं भवति वा
इति वक्तुं शक्यते महोदय? वस्तुवैलक्षण्यम् इति
घटः पटः नास्ति वा पटः घटः नास्ति, तत्कारणेन तत्र अभावः
अन्योन्यभावः. समीचीनम्. अन्योन्यभावस्य व्यवहारः एवमेव भवति. घटः पटो न, पटः घटो न, व्यवहारः तथैव भवति. अस्तु अस्तु. सर्वेषां मनसि स्पष्टता अस्ति? कोऽपि प्रश्नः? नो चेत् अग्रे सरेम. अस्तु, तर्हि अधुना अन्योन्यभावः इत्युक्ते किम् इति ज्ञातवन्तः. तस्य व्यवहारः कथं करणीयः इति अग्रिमवार्ता अस्ति. विद्या भगिनी अग्रे पठति वा?
अस्तु भगिनि. अधिकरणस्यापि भवति अनियोगी इति संज्ञा. अभावाः एतावता निरूपिताः. तन्निष्ठः विरोधः, अनियोगिता अपि उक्ता. अस्य च अनियोगिता शब्दस्य अन्यत्रापि प्रयोगः दृश्यते. न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनियोगी इति व्यवहारः दृश्यते, यथा भूतलं घटानुयोगी. अत्र भूतलम् अनियोगी चेत् अनियोगिता भूतले भवति. इयं च अनियोगिता न अभावनिष्ठविरोधरूपा, किन्तु अधिकरणनिष्ठधर्मः इति अधिकरणता एव. तथा च भूतले घटानियोगिता अस्ति इत्युक्तौ घटादिकरणता अस्ति इति अर्थः ग्राह्यः. अस्तु, अत्र अधिकरणस्यापि भवति अनियोगी इति संज्ञा. एतावता वयं दृष्टवन्तः यत्र घटः अस्ति, अपि च घटाभावः घटाभावः घटः नास्ति इति वदामः चेत् घटे अभावस्य घटाभावस्य प्रतियोगिता अस्ति, अपि च अभावे अनियोगिता अस्ति. अभावस्थले वयं दृष्टवन्तः अनियोगी प्रतियोगिता इति. परन्तु अत्र अनियोगिता इत्यस्य अधिकरणम् इत्यपि संज्ञा भवति. इत्युक्ते अत्र न्यायशास्त्रे अनियोगिता इति शब्दस्य अधिकरणम् इत्यपि अधिकरणता इत्यपि प्रयोगः भवति. अस्तु, अत्र भूतलं घटानुयोगी इति चेत् तत्र घटः भूतले अस्ति इति वदामः, तत्र भूतलम् अधिकरणम् इत्युक्ते भूतलम् अनियोगी, अपि च घटः आदेयः इत्युक्ते घटः एव आदेयः. भूतलम् अधिकरणम् अथवा अनियोगी, तर्हि घटानुयोगी भूतलम् इत्युक्ते घटस्य अधिकरणं भूतलम्. अत्र भूतलम् अनियोगी चेत् अनियोगिता इति भावः भूतले. यथा पूर्वं वयं दृष्टवन्तः तत्र आसनम् अधिकरणम् इति चेत् आसने अधिकरणता इति. एवमेव अत्र भूतलम् अधिकरणम् इत्युक्ते भूतले अधिकरणता अथवा अत्र अनियोगिता इति अस्ति. इयं च अनियोगिता न अभावनिष्ठविरोधरूपा. अत्र अभावे अत्र अभावस्य प्रसङ्गे तत्र प्रतियोगिता अनियोगिता इति वयं विरोधरूपा इति दृष्टवन्तः तत्र. परन्तु अत्र तथा नास्ति. अत्र अधिकरणता आधेयता इति तादृशसम्बन्धः तस्मिन् विषये अत्र उक्तमस्ति. किन्तु अधिकरणनिष्ठधर्मः इत्युक्ते अधिकरणता, भूतलं भूतले अधिकरणता अस्ति, भूतलम् अधिकरणं, तथा च भूतले घटानियोगिता अस्ति इत्युक्तौ घटा अधिकरणता अस्ति इत्यर्थः ग्राह्यः. तर्हि भूतले घटानियोगिता अस्ति इत्युक्ते घटस्य अधिकरणता भूतले इति वदामः चेत् तर्हि भूतलम् अधिकरणं तेन किं भवति इति चेत् घटः आदेयः इति आगच्छति. तर्हि द्वयोः मध्ये आधार आदेयभावः अथवा अधिकरणता आदेयता इति भावः सम्बन्धः आगच्छति. तर्हि अत्र निरूप्यभावः अपि आगच्छति इति मन्ये.
हा समीचीनं भगिनि, एतत् सर्वम् आगच्छति. परन्तु अनुयोगिता इत्यस्य नूतनं नामकरणम्, अनुयोगिता इत्युक्ते किम्?
अधिकरणम्, अधिकरणता.
हा अनुयोगिता इत्युक्ते अधिकरणता, अनुयोगी इत्युक्ते
अधिकरणम्,
अधिकरणं बहु सम्यक्. अधिक अनुयोगिता यस्मिन् सः अनुयोगी. तर्हि यथा भगिनी उक्तवती एतावता अभावः अनुयोगी इति दृष्टवन्तः, परन्तु अत्र नूतनतया अनुयोगी इति संज्ञा कृता. अनुयोगी इत्युक्ते अधिकरणम् इति अपि आगच्छति. भूतले घटः अस्ति चेत्, अस्तु भगिनि, भूतले घटः अस्ति चेत् तत्र अनुयोगी किम्?
भूतले घटः अस्ति चेत् भूतलम् अनुयोगी.
किमर्थं तथा? भूतलम् अधिकरणमस्ति, तदर्थं
भूतलम् अधिकरणम् अस्ति. हा सत्यं, भूतले अधिकरणता अस्ति अथवा अनियोगिता अस्ति.
हा अस्तु समीचीनम् इति मनसि भवेत्, सर्वेषां मनसि भवेत्, यतोहि अन्योन्याभावस्थले निरूपणम् अस्य आधारेण भवति. अधिकरणस्यापि अनुयोगी इति संज्ञा भवति इति आगच्छति. अस्तु अग्रे एवं कुर्मः. विजि भगिनी अग्रे पठतु, सभ्यमहोदय विवरणं करोतु, यतोहि भगिन्याः एको आगच्छति. विजि भगिनी पठति वा अग्रे?
पठति, विवरणं अहं न करोमि.
अस्तु भगिनि, तदा
मम मन्देन अवगच्छामि.
अस्तु, एतां च
अधिकरणतारूपाम् अनयोगिताम् आधाय भेदात्यन्तभावयोः वैलक्षण्यं सम्प्रदाये इत्थं वर्णयन्ति. अग्रे
अग्रे पठतु भगिनि.
अग्रे अत्यन्तभावस्थले बोधनाय प्रतियोगिवाचकपदस्य प्रथमा, अनयोगिवाचकपदस्य च सप्तमी भवति. यथा भूतले घटो नास्ति इति अत्यन्त अभावबोधकः प्रयोगः, अत्र च घट अभावः भूतले अस्ति, अभावप्रतियोगिता घटे. तत् वाचकपदोत्तरं प्रथमाविभक्तिः भवति, अभाव अनियोगी भूतलम्. अतः तत् वाचकपदोत्तरं सप्तमी विभक्तिः भवति. एवमेव वायौ रूपं नास्ति, रूपे विशेषः नास्ति इति वाक्येषु प्रतियोगिवाचकपदस्य प्रथमा, अनियोगिवाचकपदस्य सप्तमी विभक्तिः समर्थनीया.
अस्तु सम्यक्.
अस्तु भगिनि, धन्यवादः.
अस्तु, एताञ्च अधिकरणतारूपम् अनियोगितामादाय भेदात्यन्तभावयोः वैलक्षणं सम्प्रदाये इत्यं वर्णयन्ति. इत्युक्ते अधिकरणता इत्युक्ते अनियोगिता, वयम् इदानीं दृष्टवन्तः. तर्हि अनियोगिताम् आदाय भेदः अथवा अत्यन्तभावयोः तत्र वैलक्षणम् अस्ति. किम् अस्ति इति अग्रे उच्यते.
अस्तु महोदय, भेदः इत्युक्ते?
भेदः इत्युक्ते अन्योन्यभावः.
हा भेद अत्यन्ताभावः भावयोः इत्युक्ते अन्योन्यभावः अपि च अत्यन्ताभावः अनयोः मध्ये वैलक्षण्यं किम् इति अनुयोगिता अधिकरणता इति यत् पठितं तदादाय वदन्ति इति अस्तु अग्रे
अत्यन्त अभावस्थले बोधनाय प्रतियोगितावाचकपदस्य प्रथमा अनियोगितावाचकपदस्य च
तत्र अनुयोगी इति अस्ति न तु अनुयोगिता
क्षम्यताम् अत्यन्त अभावस्थले बोधनाय प्रतियोगिवाचकपदस्य प्रथमा अनियोगिवाचकपदस्य च सप्तमी भवति अस्तु तत्र अत्यन्त अभावस्थले किं भवति अत्र दत्तमस्ति प्रतियोगिवाचकपदस्य प्रथमा इत्युक्ते यः प्रतियोगी तस्य प्रथमा यः अनियोगी तस्य सप्तमी विभक्ति इति भवति कुत्र अत्यन्त अभावस्थले यथा इत्युक्ते उदाहरणम् अत्र दत्तमस्ति भूतले घटो नास्ति इति अत्यन्त अभावबोधकप्रयोगः अत्यन्त अभावस्य प्रयोगः एक उदाहरणत्वेन दत्तमस्ति भूतले घटो नास्ति इति पदमस्ति तर्हि किम् अन्यरूपया अपि वक्तुं शक्नुमः भूतले घटो नास्ति अथवा घटाभावः भूतले अस्ति तर्हि एवमपि
भूतले घटाभावः अस्ति इति कीदृश अभावः
अत्यन्ताभावः
समीचीनम् अत्यन्ताभावः सम्यक् अस्तु अत्यन्ताभावः घटः भूतले अस्ति इति अत्यन्ताभावः अस्तु महोदय अग्रे पठतु
घटाभावः भूतले अस्ति इति अत्यन्ताभावः इति प्रयोगः अत्र अभावस्थले तत्र वयं जानीमः पूर्वे अपि अस्माकं दृष्टमस्ति अभावस्थले तत्र प्रतियोगिता कः इत्युक्ते प्रतियोगिता कुत्र अस्ति इत्युक्ते घटे अस्ति तर्हि तद्वाचकपदोत्तरं प्रथमाविभक्ति भवति इत्युक्ते घटाभावः इत्युक्ते तत्र प्रतियोगि पदः अस्ति घटः तर्हि घटः पदस्य प्रथमाविभक्ति भवति इत्युक्ते घटः भूतले नास्ति इति वदामः चेत् अथवा घटाभावः भूतले अस्ति वदामः चेत् तत्र प्रतियोगी अस्ति घटः तर्हि तस्य प्रथमाविभक्ति भवति तत्र भूतलं किं भूतलम् इत्युक्ते अनियोगी तर्हि अभाव अनियोगी इति भूतलं तर्हि तत्र अतः तद्वाचकपदोत्तरं सप्तमी विभक्ति भवति इत्युक्ते घटाभावः भूतले अस्ति इत्युक्ते भूतलम् अनियोगी तत्र अनियोगी इत्युक्ते तद्वाचक पदोत्तरम् इत्युक्ते यः अनियोगी अस्ति तत्र सप्तमी विभक्ति इति भवति
अत्र
एतावत् वदतु भगिनि
अत्र अनुयोगी इत्युक्ते किम्
अनुयोगी अत्र इत्युक्ते अधिकरणं
बहु समीचीनं सामान्यतया अधिकरणे अधिकरणसप्तमी इति वदामः खलु सप्तमी विभक्ति उत्पीठिकायां लेखनी अस्ति पुस्तके कागदम् अस्ति तद्वदेव भूतले घटः नास्ति घटः प्रथमविभक्त्यां भूतलम् अनुयोगी सप्तमी विभक्त्यां तावदेव अस्ति अस्तु महोदय अग्रे
अयमेव वायौ रूपं नास्ति रूपे विशेषः नास्ति इति वाक्येषु प्रतियोगितावाचकस्य प्रथमा अनियोगिवाचकपदस्य सप्तमी विभक्ति समर्थनीया तर्हि अन्य एक उदाहरणम् इदानीं दत्तमस्ति यथा वयं दृष्टवन्तः घटः भूतले नास्ति तत्र घटः प्रतियोगी तस्य प्रथमा भूतलम् अनियोगी तस्य सप्तमी अस्ति अन्य एक उदाहरणं दत्तमस्ति वायु रूपं नास्ति इति अन्य एक उदाहरणं रूपे किं नास्ति इत्युक्ते रूपे विशेषः नास्ति इति वाक्येषु तत्र प्रतियोगी वाचकपदस्य प्रथमा अस्ति एवम् अनुयोगीवाचकपदस्य सप्तमी अस्ति अन्यत् उदाहरणत्वेन.
तर्हि तयोः वाक्ययोः अनुयोगी किम् इति वदतु कृपया.
हा, अनुयोगी इत्युक्ते अधिकरणम् अनुयोगी अस्ति.
अस्तु, तयोः वाक्ययोः अनुयोगी किं यद्वाक्यद्वयं पठितं भवता?
अनुयोगी इत्युक्ते यत्
वायव् रूपं नास्ति, तत्र अनुयोगी किम्?
समीचीनं.
हा, वायुः खलु, तस्य वायुः वायौ सप्तमी विभक्ति खलु. अनन्तरं रूपे विशेषः नास्ति, तत्र अनुयोगी किम्?
रूपाभावः.
रूपे विशेषः नास्ति, तत्र अनुयोगी अनुयोगी करणं किम्?
रूपः एव.
तस्य सप्तमी विभक्ति खलु, रूपे इति सप्तमी विभक्ति, अनुयोगी वाचक सप्तमी, अपि च प्रतियोगी वाचकपदस्य
प्रथमा
विभक्ति. रूपे विशेषः नास्ति, विशेषः नास्ति इति चेत् विशेषाभावः, विशेषः प्रतियोगी, तस्य प्रथमा विभक्ति. अपि च वायौ रूपं नास्ति इति चेत् रूपम् इत्यस्य प्रथमा विभक्ति, यतोहि रूपम् इति प्रतियोगी, वायुः अधिकरणम् अथवा अनुयोगी. अस्तु, समीचीनं. तर्हि एतदेव अत्यन्ताभावस्थले प्रयोगः कथं भवति इति. प्रतियोगीवाचकपदस्य प्रथमा, अनुयोगीवाचकपदस्य सप्तमी भवति. अनुयोगी इत्युक्ते अत्र अधिकरणम्, अभावस्य अधिकरणम् अथवा प्रतियोगिनः अधिकरणम् इति मनसि भवेत्. समीचीनं वा?
अत्र भगिनी, मम अपि तत्र प्राक्चिन्तनं सम्यक् नासीत्. अत्र उदाहरणत्रयं दत्तमस्ति, इत्युक्ते प्रथम उदाहरणं घटः भूतले नास्ति इति प्रथम उदाहरणं, घटः प्रतियोगी, भूतलम् अनियोगी. तत्र द्वितीय उदाहरणं दत्तमस्ति, वायु रूपं नास्ति. अत्र रूपम् इति प्रतियोगी, वायु इति अनियोगी. एवं तृतीय उदाहरणम् अस्ति, रूपे विशेषः नास्ति. अत्र विशेषः प्रतियोगी, रूपम् अनियोगी इति उदाहरणत्रयं दत्तमस्ति. सर्वत्रापि प्रतियोगिवाचकपदस्य प्रथमा एवम् अनियोगिवाचकपदस्य सप्तमी अस्ति.
हा, बहु समीचीनं महोदय. तर्हि इमानि उदाहरणानि कस्य अभावस्य उदाहरणानि?
अत्यन्ताभावस्य
उदाहरणानि. समीचीनं. तर्हि अत्यन्ताभावस्थले प्रतियोगिवाचकपदस्य प्रथमा, अनुयोगिवाचकपदस्य सप्तमी इति मनसि भवेत्. अस्तु, अन्ततो गत्वा एकं परिच्छेदं कृत्वा समापयामः. अन्योन्याभावस्थले
क्षम्यतां भगिनि, अत्र अभावप्रतियोगिता घटे इति अस्ति, तस्य अर्थः मया नावगतम्. अत्र अभावप्रतियोगिता इत्युक्ते अत्र घटे आदयता अस्ति इति जानामि, परन्तु अभावप्रतियोगिता इत्युक्ते अत्र अत्र किम्?
अभावस्य प्रतियोगिता तावदेव.
अभावस्य प्रतियोगिता घटे अस्ति इति अभावस्थले दृष्टवन्तः, परन्तु अभाव
अत्र किञ्चित् मिश्रणम् अस्ति भगिनि. अस्तु, अभावस्थले प्रतियोगिता इति या संज्ञा अस्ति, सा एव संज्ञा अत्र स्वीकृता. केवलम् अनुयोगिता इत्यस्य नूतनतया नामकरणं कृतम्.
ओ, तर्हि अत्र अभावप्रतियोगिता इत्युक्ते अत्र अभावस्य विरोधः घटे अस्ति.
सत्यम्.
ओ, अस्तु अस्तु, तर्हि अत्र आधेयता नास्ति.
आधेयता नास्ति. हा, प्रश्नः समीचीनः. यद्यपि अनुयोगिता इत्यस्य अधिकरणता इति संज्ञा कृता, प्रतियोगिता इत्यस्य सा एव संज्ञा. या संज्ञा अभावस्थले आसीत् सा एव संज्ञा इति. अस्तु
अस्तु.
तर्हि अभावप्रतियोगिता वाचकस्य प्रथम अथवा अपि च अनुयोगी अथवा अधिकरणवाचकपदस्य सप्तमी इति मनसि भवेत्. अत्यन्ताभावस्थले प्रयोगः तथा एव. भूतले घटः नास्ति, वायौ रूपं नास्ति, एतत् सर्वम् अत्यन्ताभावस्य उदाहरणानि. अन्योन्याभावस्थले किं भवति इति अग्रे दृष्ट्वा अद्य समापयामः. सरला भगिनी, अग्रिमपरिच्छेदं वक्तुमिच्छति वा?
अस्तु भगिनि. भेदस्थले तु प्रतियोगि अनियोगिकवाचकपदाभ्यां प्रथमा विभक्ति भवति. यथा घटः पटो न इति। यदि घटभेदः पटे अस्ति इति वक्तुम् इच्छति तदा पटः अनियोगी घटः प्रतियोगी। इयमपि पटनिष्ठ अनियोगिता अधिकरणता एव। एवम् इह विपरीतमपि सम्भवति। पटभेदः घटनिष्ठः बोधयितुम् इष्टः चेत् अपि इदं वाक्यं भवति। तर्हि अनियोगिता घटनिष्ठा। अनियोगिता प्रतियोगितयोः आश्रयभेदः अपि विभक्तौ भेदः नैव भवति इति भेदस्थले विशेषः। अत्र अन्योन्याभावस्य का विभक्तिः भवति एतत् वर्णनमस्ति। भेदस्थले इत्युक्ते अन्योन्याभावस्थले तु प्रतियोगी अनियोगिकवाचकपदाभ्यां प्रथमा विभक्ति। द्वयोः प्रतियोगी अनियोगी द्वौ प्रथमा विभक्ति भवति। यथा उदाहरणमस्ति घटः पटो नास्ति, घटः पटः नास्ति। यदि घटभेदः पटे अस्ति, घटभेद घटस्य अन्योन्याभावः यदि पटे अस्ति, वयं अस्माकं विवक्षा अस्ति, तदा घटः तदा पटः अनियोगी। सो पट भवति अनियोगी, घट भवति तस्य प्रतियोगी।
एकनिमिषः, तत्र किञ्चित् भिन्नतया वक्तव्यं। घटभेदः पटे अस्ति इति विवक्षा, तस्य अर्थः कः?
घटभेद घटस्य अभावः पटे अस्ति, घटा अन्योन्याभावः पटे अस्ति
इति चेत्,
पटे अस्ति इति चेत् पटे प्रतियोगिता अस्ति, घटे घटा घटाभावः।
अस्तु, प्रथमतया अस्माकं वाक्यस्य प्रथमपदं किं परिच्छेदस्य? भेदस्थले। भेदस्थले इत्युक्ते
अन्योन्याभावस्थले
प्रतियोगी अनुयोगी वाचकपदाभ्यां प्रथमा विभक्ति इत्युक्ते प्रतियोगी अपि च अनुयोगी उभयोः का विभक्ति?
प्रथमा विभक्ति।
यथा घटः
यथा घटः पटः न,
यद्यपि तत्र घटः पटो न इति विसर्गसन्धिः जातः, तत्र प्रथमा विभक्तिः एव, घटः पटः न इति, खलु? घटभेदः पटे अस्ति इति वक्तुम् इच्छामः चेत् पटे किमस्ति?
पटे अस्ति प्रतियोगिता।
पटे प्रतियोगिता किमर्थं कथमस्ति?
घटभेद घटाभाव क्षम्यतां, घटाभाव पटे अस्ति, सो पटे भवति अनियोगिता।
अनियोगिता किमर्थमस्ति पटे?
पटे अनियोगिता किमर्थम् अस्ति? पटं विहाय तस्य सर्वे भावा तत्र पटे वर्तन्ते, घटभेदः पटे वर्तते।
एकनिमिषः,
अधिकरणमस्ति
इति अस्तु। घटभेदः केवलं भेदः अभावः इति चिन्तयामश्चेत् घटः प्रतियोगी, घटभेदः अनुयोगी, खलु? घट अन्योन्याभावः इति चिन्तनं चेत् घटः प्रतियोगी, घटभेदः अथवा घट अन्योन्याभावः अनुयोगी इति आगच्छति। परन्तु अनुयोगी इत्यस्य संज्ञा नूतनतया कृता अधुना। अनुयोगी
अधिकरणे वयं जानीमः, पूर्वपृष्ठे एव यथा वयं दृष्टवन्तः, अधिकरणता पटे अधिकरणता अस्ति, तस्मिन् अनियोगिता अस्ति, पट भवति अनियोगी घटाभावः प्रति।
घटाभावं प्रति इति त्यजतु, अधुना घटभेदः पटे,
घटभेदः पटे अस्ति
इति चेत् पटः अनुयोगी,
पटः अनुयोगी
नाम घट। एकनिमिषं शृणोतु, अनुयोगी इत्युक्ते अधिकरणं, कस्य अधिकरणं?
घटा अनु घटभेदस्य।
बहु समीचीनं, घटभेदस्य अधिकरणम्। अस्तु, अग्रे
घट भवति प्रतियोगी तत्र। इयमपि पटनिष्ठ अनियोगिता अधिकरणता एव। यथा पटे अस्ति सप्तमी विभक्ति, अत्र अधिकरणता वयं जानीमः, पटनिष्ठ अनियोगिता, पटनिष्ठ अनियोगिता अधिकरणता एवमेव एकमेव अस्ति अधिकरणता अनियोगिता पठे या अस्ति एवम् इह विपरीतमपि सम्भवति यदा घटभेदपटे अस्ति विपरीतं मिन्ति पटभेदघटे अस्ति इति वयं वक्तुं शक्नुमः पटभेदघटनिष्ठ बोधयितुम् इष्टं चेत् इदं वाक्यं भवति तर्हि अनियोगिता घटनिष्ठा पटभेद घटनिष्ठ अस्ति मिन्ति पटभेद घटे अस्ति अत्र घट भवति अधिकरणं घट घटे अस्ति अनियोगिता घटनिष्ठ अनियोगिता वा घटनिष्ठ अधिकरणता घट भवति अनियोगी तस्मिन् पटभेद भवति प्रतियोगी
अन्तिमवाक्यम्
अनियोगिता प्रतियोगितयोः आश्रयभेद अपि विभक्तौ भेद नैव भवति इति भेदस्थले विशेषः आश्रयभेदेन अन्योन्याभावस्य अनियोगी प्रतियोगितयो तयो मध्ये यः भेदः भवति आश्रयभेदस्थले जानीमः
इति सत्यमेव परन्तु अत्र वार्ता का इति चेत् अनियोगिता प्रतियोगितयोः आश्रयभेदे अपि यद्यपि आश्रयभेदः अस्ति खलु अनियोगिता कुत्र वर्तते
अनियोगिता अधिकरण अधिकरणे वर्तते
पटः घटः न इति वदामश्चेत् पटभेदः घटे इति आगच्छति खलु तत्र अनुयोगी कः
तत्र अनियोगी पटभेदघटे नः घट भवति अनियोगी
घट भवति अनुयोगी अनुयोगिता कुत्र वर्तते
अनियोगिता घटे वर्तते
प्रतियोगिता कुत्र वर्तते
प्रतियोगिता पटे वर्तते
हा यतोहि पटभेदः पटाभावः पटान्योन्याभावः इति चेत् पटः प्रतियोगी प्रतियोगिता पटे वर्तते इति दृष्ट्वा अनुयोगिता प्रतियोगिता उभयोः आश्रयम् आश्रयः समानः वा आश्रयः इति पुल्लिङ्गपदम् आश्रयः भिन्नः तथापि विभक्तिभेदः यद्यपि आश्रयः भिन्नः विभक्तिभेदः अस्ति वा
विभक्तिभेदः नास्ति अत्र
हा विभक्तिभेदः नास्ति इत्येव भेदस्थले अथवा अन्योन्यभावस्थले विशेषः
विशेषः
अस्तु समीचीनं भगिनि तर्हि पुनः एकवारं वदतु व्यवहारः कथं भवति अन्योन्यभावस्थले
अन्योन्यभावस्थले प्रतियोगी अन्योगी वाचक शब्द यदि वयं उच्चारमः तत्र अन्योगी प्रतियोगि अन्योगिता प्रतियोगिता तयोः मध्ये प्रथमा विभक्तिः भवति घटः पटः नास्ति अत्यन्ताभावस्थले घट भूतले नास्ति तत्र प्रतियोगी भवति प्रथमा विभक्ति अन्योगी भवति सप्तमी विभक्ति प्रतियोगी अनियोगी तयोः मध्ये लक्षणम् अस्ति
समीचीनं तर्हि अत्यन्ताभावस्थले अनुयोगीवाचकपदस्य सप्तमी प्रतियोगीवाचकपदस्य प्रथमा विभक्ति
प्रथमा
अत्यन्ताभावस्थले अन्योन्याभावस्थले घटः घटः पटः न अथवा पटः घटः न इति व्यवहारः तत्र प्रतियोगीवाचकपदस्य अपि च अनुयोगीवाचकपदस्य प्रथमा विभक्ति
प्रथमा विभक्ति
इति कृत्वा अन्योन्याभावविषयः समाप्तः वस्तुतः अभावस्य विषयः एव समाप्तः कोऽपि प्रश्नः वा पुनः पठनीयम् इति प्रार्थना अभावः इति जटिलः न किन्तु पुनः पुनः पठित्वा अवगन्तव्यं भवति इति एतत् सर्वं समीचीनं सुलभमेव यदि पठन्ति चेत् पुनः कोऽपि प्रश्नः वा कस्यचित्
तर्हि अत्रापि प्रतियोगी इत्युक्ते अभावरूपप्रतियोगी खलु
सत्यं भगिनि अभावस्थले या प्रतियोगी अस्ति विरोधः विरोधी सा एव सः एव प्रतियोगी अत्रापि केवलम् अनुयोगी इत्यस्य अधिकरणम् इति अर्थः अधिकरणम् इति संज्ञा कृतः अस्तु
अत्र अधिकरणम् इति कृत्वा तत्र किमर्थं किं लाभं तत्र कः लाभः अस्ति
इत्युक्ते
अत्र अभावः यथा पूर्वम् अभावस्थले अनियोगी प्रतियोगी तथा एव भवतु, किमर्थम् अत्र अधिकरणम् इति कृत्वा तत्र तत्र तेन अवगमनं स्पष्टं भवति वा? मम अवगमनं तु स्पष्टं नास्ति पुनः।
एकत्र अनियोगिता इति विरोधः इति जातः, अपरत्र किमर्थम् एवम् अस्ति इति खलु भवत्याः प्रश्नः इति मम मनसि अपि आसीत्। केषुचित् वर्गेषु केभ्यश्चित् वर्गेभ्यः पूर्वं द्रोणमहोदयेन उक्तं परम्परासम्बन्धविषये तत्र अस्य प्राधान्यमस्ति। अधुना किञ्चित् वदामि चेत् प्रायः न अवगन्तुं शक्नुमः, यत्र परम्परासम्बन्धः आरभ्यते सः प्रतियोगी, यत्र परम्परासम्बन्धः समाप्यते सः अनुयोगी इति महोदयेन उक्तं। तत्र हा तत्र समन्वयः समीचीनः, परन्तु अत्र प्रतियोगी इत्युक्ते अभावप्रतियोगी विरोधी, अनुयोगी इत्युक्ते अधिकरणम् इति मनसि भवेत्।
अस्तु
अस्तु, अस्य लाभः कः? अस्य लाभः कः इत्युक्ते व्यवहारदृष्ट्या, व्यवहारदृष्ट्या घटः पटः न इति अन्योन्यभावस्थले प्रतियोगी अनुयोगिवाचकपदस्य प्रथमा विभक्ति, अत्यन्ताभावस्थले प्रतियोगिवाचकस्य प्रथमा अनुयोगिवाचकस्य सप्तमी।
अस्तु अस्तु भगिनि, इतोपि एकवारं पठनीयं, स्पष्टं सम्पूर्णतया स्पष्टं नास्ति।
हा हा, केवलम् अनुयोगी इत्यस्य भिन्नसंज्ञा कृता इति मनसि भवेत् भगिनि, तावदेव।
अस्तु भगिनि, धन्यवादः।
कोऽपि प्रश्नः वा कस्यचित्? नो चेत् समापयामः, दीर्घः वर्गः जातः अद्य।
धन्यवादः भगिनि,
धन्यवादः,
धन्यवादः, नमस्कारः।